समासचिन्तनवर्गं प्रति सर्वेषां हार्दं स्वागतम्। गतकक्षायां वयं सर्वे समासचिन्तनप्रसङ्गे तत्र समस्तपदे प्राधान्यं नाम किम्, अपि च समस्तपदे प्राधान्यतायाः निर्णयार्थं प्रकारद्वयं किम्, एतत् सर्वं वयं पठितवन्तः। इत्युक्ते तत्र क्रियाम् आश्रित्य प्राधान्यनिर्णयः, गुणमाश्रित्य प्राधान्यनिर्णयः इति प्रकारद्वयं वर्तते, अपि च समासस्य प्रभेदान् अपि वयं दृष्टवन्तः, मुख्यसमासप्रभेदान् परिशीलितवन्तः, अपि च प्रमुखसमासप्रभेदानाम् अन्तर्भूताः उपप्रभेदाः अपि अस्माभिः ज्ञाताः। तत्र प्राधान्यतायाः निर्णयः कथं क्रियते इति पश्यामश्चेत्, यस्य पदस्य अन्वयः क्रियया सह भवति सः पदार्थः प्रधानः, अथवा तस्य पदार्थस्य प्राधान्यं वर्तते। अपि च यस्य पदार्थस्य अन्वयः गुणेन सह भवति सः पदार्थः प्रधानः, अथवा तस्य पदार्थस्य प्राधान्यं वर्तते इति वयं दृष्टवन्तः। अपि च समासेषु, भिन्नसमासेषु पदप्राधान्यं भिन्नरीत्या वर्तते इति अपि अस्माभिः ज्ञातम्। इत्युक्ते कुत्रचित् उत्तरपदप्राधान्यं, कुत्रचित् पूर्वपदप्राधान्यं, कुत्रचित् अन्यपदार्थप्राधान्यं, कुत्रचित् द्वयोः पदयोः प्राधान्यं वर्तते इति अस्माभिः अवगतम्। इत्युक्ते तत्र यत्र यस्मिन् समस्तपदे पूर्वपदप्राधान्यमस्ति तस्मिन् अव्ययीभावसमासः अस्ति, यस्मिन् समस्तपदे उत्तरपदप्राधान्यमस्ति तस्मिन् तत्पुरुषसमासः अस्ति, अपि च यस्मिन् समस्तपदे द्वयोः पदयोः प्राधान्यं, पदार्थयोः प्राधान्यमस्ति तत्र द्वन्द्वसमासः अस्ति इति अस्माभिः अवगतम्। अपि च यस्मिन् समस्तपदे समासघटकैः पदैः विना भिन्नपदार्थस्य प्राधान्यम् अथवा अन्यपदार्थस्य प्राधान्यमस्ति, तत्र अन्यपदार्थस्य अन्वयः क्रियया सह भवति चेत् तत्र बहुव्रीहिसमासः अस्ति इति वयं दृष्टवन्तः। इत्युक्ते एतदाधारेण समासः पञ्चविधः इति अस्माभिः ज्ञातम्। तत्र समासः पञ्चधा विभक्तः, तत्र वयं तत्र चत्वारि अधिकारसूत्राणि सन्ति तदर्थम्, अपि च तत्र पञ्चमः प्रभेदः एव केवलसमासः। केवलसमासप्रसङ्गे अपि वयं किञ्चित् ज्ञातवन्तः। तत् किम् इत्युक्ते यत्र यत्र समासविधायकसूत्रं विना समासः क्रियते तत्र केवलसमासः भवति। साधारणतया तादृश्यानि समस्तपदानि यस्मिन् केवलसमासः अस्ति तादृशानि पदानि साधारणतया काव्येषु एव दृश्यन्ते, तत्र तेषां समस्तपदानां समर्थनं सहसुपायितसूत्रेण क्रियते इति अपि अस्माभिः ज्ञातम्। किन्तु तत्र तादृशानां समस्तपदानां निर्माणम् अस्माभिः न करणीयम्। इत्युक्ते तत्र केवलं तत्र समासविधायकसूत्रं नास्ति इति कृत्वा सहसुपायितसूत्रेण एव तस्य समर्थनं क्रियते। केवलसमासप्रसङ्गे एव एकं वार्तिकम् अस्ति, वार्तिकम् अपि अवगन्तव्यं। किमर्थमित्युक्ते तत्र न केवलं सहसुपायितसूत्रेण तस्य समर्थनं भवति, अनेन वार्तिकेन तत्र समस्तपदनिर्माणं भवति, इत्युक्ते समस्तपदविधानं भवति। तदर्थम् एकं नूतनं वार्तिकम् अस्माभिः ज्ञातव्यं। तत्र वार्तिकं किमित्युक्ते इवेन सह समासः विभक्त्यलोपश्च इति वार्तिकमस्ति। तदर्थम् अद्य वयं तत्र वार्तिकं तस्मात् आरभ्य पठामः। अस्माकं करपत्रे अष्टमबिन्दोः अन्तिमभागात् आरभ्य अद्य पठेम। अपि च अहम् एकम् अन्यं विषयं वक्तुमिच्छामि, साधारणतया वयं संस्कृतसम्भाषणावसरे दोषान् कुर्मः. दोषाः किमर्थं भवन्ति इति पश्यामश्चेत् तत्र त्रीणि कारणानि भवितुमर्हन्ति. प्रथमं कारणमस्ति अज्ञानात् दोषान् कुर्मः. द्वितीयकारणम् अनवधानात्, वितौट् पेयिङ्ग् अटेन्शन्, अनवधानात् दोषान् कुर्मः. तृतीयं कारणमस्ति अनभ्यासात्, इत्युक्ते अज्ञानात्, अनवधानात्, अनभ्यासात्. साधारणतया वयं संस्कृतसम्भाषणावसरे दोषान् कुर्मः, किन्तु वयं सर्वे यावच्छक्यं दोषान् परिष्कृत्य वक्तुं किञ्चित् प्रयत्नं कुर्मः. किमर्थमित्युक्ते तादृशरीत्या परिष्कृत्य सम्भाषणं करणीयं, तादृशः प्रयत्नः अपेक्षितः अस्माभिः. तदर्थं वयं सर्वे तदर्थं किञ्चित् प्रयत्नं कुर्मः वयं सर्वे मिलित्वा. अत्र आरम्भे अत्र करपत्रात् वार्तिकं पठेम. केवलसमासप्रसङ्गे वार्तिकं दत्तमस्ति अत्र. अरुणा भगिनी, भवती पठितुमिच्छति वा?
आं भगिनि. इवेन सह समासः विभक्ति अलोपश्च इति वार्तिकम्. अनेन वार्तिकेन इव इति अव्ययेन सह समासः भवति, अपि च पूर्वपदात् विभक्तिप्रत्ययस्य लोपः न भवति. यदा वागर्तौ इव इति लौकिकविग्रहवाक्यं, तस्य समासः वागर्ताविव इति भवति. विग्रहस्य समासस्य च भेदः न ज्ञायते, यतोहि विभक्तेः लोपः न
समीकरोति.
भगिनि अत्र इवेन सह समासः विभक्त्यलोपश्च इति वार्तिकं, तस्मात् आरभ्य पठनीयं.
तस्य पुरातन अस्ति तस्य करपत्रं. गतसप्ताहे भगिनी समीकृतवती.
अस्तु, चिन्ता मास्तु. अधुना अत्र भगिनी भवती एव किञ्चित् प्रथमं परिच्छेदं पठतु, इवेन सह समासः विभक्त्यलोपश्च इत्यस्मात्.
अस्तु. इवेन सह समासविभक्तिलोपश्च इति वार्तिकम्. अनेन वार्तिकेन सुबन्तपदस्य इव इति अव्ययेन सह समासः भवति, अपि च पूर्वपदात् विभक्तिप्रत्ययस्य लोप न भवति. एतत् वार्तिकं महाभाष्ये सहसुपा इति सूत्रे उक्तम् अस्ति. इवेन तृतीयान्तं समास प्रथमान्तं विभक्तिलोप प्रथमान्तं न लोप अलोप नै तत्पुरुष विभक्ते अलोपः विभक्त्यलोपः षष्ठी तत्पुरुष. अस्मिन् वार्तिके अपि सुभा मन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः स्वीक्रियते. एतत् वार्तिकमस्ति, सूत्रं नास्ति, किन्तु तस्य अर्थं सूत्र एव अस्ति. यदि सुबन्तपद तस्य इव इव अव्ययपदेन सह विधानं भवति, तत्र किं भवति, पूर्व यत् सुबन्तपदम् अस्ति तस्य विभक्तिलोप न भवति. सामान्यतया यदि सुबन्तयो योजनं भवति तत्र विभक्तिलोप भवति, किन्तु एतस् वार्तिकेन विभक्तिलोप न भवति. यदि इव अव्ययपद सुबन्तपदस्य सुबन्तपदेन योजितम् अस्ति. एतत् वार्तिक महाभाष्ये सहसुपा इति सूत्रे उक्तम् अस्ति. केवलसमासस्य प्रति वार्तिकं दत्तमस्ति. सहसुपा सूत्रं वदति यत् सुबन्तेन सह सुबन्तं पदं योजितम् अस्ति. तेतिवसि सहसुपा इति पदेन सह तस्य परिभाषा अधिकारम् आगच्छति तत्र. इवेन तृतीयान्तं पदमस्ति, समासः प्रथमान्तं पदमस्ति, विभक्तिलोपप्रथमान्तम्. न लोप अलोप नै तत्पुरुष. सो इवेन तृतीय तत्पुरुष समास तृतीयान्तं पदम् अस्ति. सः समासः पुनः प्रथम अन्तम् अस्ति. न लोपः इति अस्ति नै तत्पुरुषसमासः. विभक्ति अलोप विभक्ति लोप षष्ठी तत्पुरुषसमासः भवति तत्र. सो अस्मिन् वार्तके सुभामन्त्रस्य पराङ्गवत् स्वरे इति अधिकारसूत्रं यत् वयं दृष्टवन्तः पूर्वं, तस्मात् सुप् प्रत्ययस्य अनुवृत्तिः आगच्छति. सो अनुवृत्ति सहित यदि वयं योजयामः सूत्रं भवति सुबन्तपदम् इवेन सह समस्यते पूर्वपदस्य विभक्ति न लुप्यते इति अस्य अर्थम् अस्ति.
उत्तमं भगिनी, सम्यक् अस्ति. इत्युक्ते एतत् केवलं वार्तिकं न तु समासविधायकसूत्रं नास्ति. एतत् केवलं वार्तिकं, किन्तु वार्तिकं नाम किम् इत्यपि वयम् अस्माभिः ज्ञातव्यं. वार्तिकम् इत्युक्ते पाणिनेः सूत्राणां विषये तत्र यानि यानि पदानि सन्ति तेषां विषये उक्तानाम् अनुक्तानां दुरुक्तानां सूत्राणाम् अथवा पदानां विषये यः विचारः क्रियते, यस्मिन् ग्रन्थे तादृशविचारः क्रियते सः ग्रन्थः एव वार्तिकम्. इत्युक्ते यस्मिन् ग्रन्थे उक्तानाम् अनुक्तानां दुरुक्तानां पदानां विचारः क्रियते तादृशः ग्रन्थः एव वार्तिकम्. केन वार्तिकं वार्तिकानि लिखितानि इति पश्यामश्चेत् कात्यायनः, आचार्य कात्यायनः वार्तिकानि लिखितवान्. अष्टाध्यायी केन विरचितम् इत्युक्ते पाणिनिना विरचितम्. अपि च महाभाष्यं केन विरचितम्? पतञ्जलिना विरचितम्. उत्तमम्. अपि च अत्र वार्तिकानि कात्यायनमहर्षिणा लिखितानि इति एकः विषयः. अपि च अत्र द्वितीयं वाक्यं परिशीलयामश्चेत् अनेन वार्तिकेन कार्यद्वयं क्रियते. कार्यद्वयं किं भगिनी, पुनः एकवारं विवृणोतु. अत्र कार्यद्वयं भवति.
एकं कार्यमस्ति, पूर्वपदं सुबन्तं पदं भवति. तस्य उत्तरम् अधोभागे द्वितीयपरिच्छेदे अस्ति कथम् इति भवति. इव इति अव्ययपदम् अस्ति. द्वयो योजनेन विभक्तिलोपन अस्ति. पूर्वपदम् अस्ति सुबन्तपद, तस्य विभक्ति न लुप्यते तत्र एतेन.
उत्तमम्. इत्युक्ते अनेन वार्तिकेन किं क्रियते इत्युक्ते अत्र कार्यद्वयम् उक्तमस्ति. कार्यद्वयं किम् इत्युक्ते तत्र इव इति उत्तरपदमस्ति, इव इति अव्ययपदेन सह किमपि सुबन्तपदं समस्यते इति विषयः. प्रथमः विषयः इव इति अव्ययपदेन सह किमपि सुबन्तपदं समासं कर्तुं शक्यते इति प्रथमविषयः. द्वितीयविषयः तु पूर्वपदात् विभक्तिलोपः न भवति इति द्वितीयविषयः. अत्र वार्तिकं पश्यामश्चेत् सः इति लिखितमस्ति. यत्र कुत्रापि सः इति पदम् अस्ति चेत् तत्र उपपदतृतीया इति वदामः. तदर्थमेव इवेन सः इति लिखितमस्ति. तत्र उपपदतृतीया अस्ति. अत्र तृतीयान्तं पदं किमर्थम् इत्युक्ते सः इति पदमस्ति इति कृत्वा. अपि च विभक्ति अलोपः इति पदमस्ति. भगिनी कृपया किञ्चित् वदतु, अत्र कीदृशसन्धिः अस्ति?
विभक्ति अलोप, तत्र यणसन्धि आगच्छति. विभक्ति अलोपः च तत्र विसर्गसन्धि अस्ति. लोपः च इति विसर्गस्य भाटसूत्रस्य प्रथम सूत्रमस्ति. विसर्गपरे सकार आगच्छति. खरि परे कख फ तिष्ठति. कथमिति अस्ति, पूर्वं सूत्रम् अहं समीचीनं न वक्तुं शक्नोमि.
चिन्ता मास्तु भगिनि. विसर्जनीयस्य सह खरि कखपफेतु विसर्गः इति सूत्रमस्ति. तेन सूत्रेण प्रथमं भाटसूत्रम् अत्र कार्यं करोति. विसर्गसन्धिः भवति. अपि च अत्र यण्सन्धिः अपि अस्ति. विभक्त्यलोपः इति एकमेव पदमस्ति. विभक्त्यलोपः इति प्रथमान्तं पदमस्ति. सूत्रे वा अथवा वार्तिके वा यत्र प्रथमान्तं पदमस्ति तत्र किम् अवगम्यते अस्माभिः? साधारणतया प्रथमान्तं पदमस्ति चेत् आदेशः वा आगमः वा नामकरणं वा इतोपि लोपः वा इति भवति. लोपः अपि एकं कार्यमेव. लोपः अपि कार्यम्. अत्र सूत्रे न लोपः इति लिखितमस्ति. न लोपः इति विग्रहवाक्यं तेन समस्तपदम् अलोपः. तत्र नञ् तत्पुरुषसमासः अस्ति. इत्युक्ते तत्र वयं पूर्वं दृष्टवन्तः नञ् प्रभृतयः इति एकः प्रभेदः अस्ति तत्पुरुषसमासे एव. तत्रापि उत्तरपदप्राधान्यं वर्तते. यदा वयं नञ् तत्पुरुषप्रसङ्गे चिन्तयामः तत्र ईदृशानि पदानि वयं द्रष्टुं शक्नुमः. न लोपः अलोपः इति नञ् तत्पुरुषसमासः. अपि च तत्र विभक्तेः अलोपः तत्र षष्टितत्पुरुषसमासः अस्ति. आहत्य अत्र भगिनी किञ्चित् वदतु, अत्र कस्मिन् गर्भे कीदृशसमासः अस्ति? विभक्त्यलोपः विभक्त्यलोपः तत्र
इति षष्ठी तत्पुरुषसमासः भवति. विभक्तेः लोप इति भवति तत्र, कारण कि विभक्ति इति इकारान्त स्त्रीलिङ्ग पदम् अस्ति. तस्य षष्ठी विभक्ति विभक्ते भवति. तस्य षष्ठीविभक्त्यां तस्य लोपः भवति. तु विभक्ति इति प्रातिपदिकम् आगत्य लोपः इति आगच्छति. विभक्तेः लोपः
षष्ठी तत्पुरुषसमासगर्भे
नैतत्पुरुषसमासः
अस्ति इति वक्तुं शक्यते तत्र. अनन्तरम् अत्र सुभामन्त्रिते पराङ्गवत् स्वरे इति सूत्रात् सुप् इति पदस्य अनुवृत्तिः भवति. अत्र यत्र कुत्रापि सुप् इति पदं सुप् पदस्य विभक्तिः का? प्रथमा विभक्तिः. अत्र यद्यपि एतत् वार्तिकं विधायकसूत्रं नास्ति, तथापि अनेन वार्तिकेन समासविधानं भवति. इत्युक्ते समस्तपदनिर्माणं भवति इति कृत्वा अत्र सुप् इति पदम् अनुवृत्तिरूपेण अस्मिन् वार्तिके अस्ति. यदि समासविधायकसूत्रे वा वार्तिके वा प्रथमान्तं पदमस्ति चेत् किं भवति, किम् अवगम्यते? यत्र कुत्रापि समस्तविधायकसूत्रे प्रथमान्तं पदमस्ति चेत् तत्र
उपसर्जनसंज्ञा सूत्रे यदि प्रथमाविभक्त्याम् अस्ति प्रथमानिर्दिष्टं समास उपसर्जनं अनेन सूत्रेण तस्य उपसर्जनसंज्ञा आगच्छति. तत् यदा उपसर्जनं संज्ञा आप्नोति तदनन्तरम् उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्व समासे पूर्वपदं भवति. तस्य पूर्वपदं निपात पूर्वपदनिपात आगच्छति तत्र.
उत्तमम् उत्तमं भगिनि, धन्यवादः. तावदेव, तदेव अत्र अग्रिमे परिच्छेदे लिखितमस्ति. अत्र अरुणा भगिनी, भवती अधुना पठितुं शक्नोति वा?
प्रयत्नं करोमि भगिनि. अत्र स्मर्तव्यम् इति एव न,
अत्र स्मर्तव्यम्,
अत्र स्मर्तव्यं यत् इवेन इति पदं तृतीयान्तम् अस्ति. सुप् इति यत् पदम् अनुवृत्तम् अस्ति तत् पदं प्रथमान्तम् अस्ति. अतः सुबन्तपदस्य प्रथमनिर्दिष्टं समास उपसर्जनम् इति संज्ञासूत्रेण उपसर्जनसंज्ञा भवति. तत्पश्चात् उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वनिपातः भवति एव इति शब्दस्य परनिपातः भवति इति फलितार्थः. सूत्रं विवरणं करोति. अत्र इवेन इति तृतीयान्तं पदं, सुप् इति यत् पदम् अनुवृत्त्या आगच्छति तत् पदं प्रथमान्तम् अस्ति. अतः सुबन्त सूत्रं प्रथमनिर्दिष्टसमास उपसर्जनम् इति सूत्रेण सः प्रथमान्तं सो तदपि उपसर्जनसंज्ञा भवति. तत्पश्चात् उपसर्जनं पूर्वम् इति सूत्रेण तत् पदं पूर्वनिपातः भवति
अत्र
इव इति.
अत्र कस्य पूर्वनिपातः भवति भवत्याः अवगमनं किम्? अत्र कस्य पदस्य पूर्वनिपातः भवति?
इवेन इति
न भगिनि. अत्र
इव इति सः एव पूर्वपदं भगिनि.
अत्र कस्य पूर्वनिपातः भवति इति चिन्तयामश्चेत् सूक्ष्म इत्युक्ते किमपि सुबन्तपदस्य पूर्वनिपातः भवति. अत्र इत्युक्ते अत्र एतत् वार्तिकमेव, विधायकसूत्रं नास्ति. यद्यपि वार्तिकमस्ति किन्तु पूर्वसूत्रात् सुप् इति प्रथमान्तं पदम् अनुवृत्तिरूपेण अस्मिन् वार्तिके दृश्यते. तेन किं भवति? तत्र सूत्रे सुप् इति पदं, वार्तिके सुप् इति पदं प्रथमान्तं पदमस्ति इति कृत्वा प्रथमानिर्दिष्टं समासोपसर्जनम् इति सूत्रेण, इत्युक्ते सूत्रं किं वदति? विधायकसूत्रे यत् पदं प्रथमान्तं पदमस्ति तस्य उपसर्जनसंज्ञा भवति इति एतत् सूत्रं वदति इति कृत्वा किमपि सुबन्तपदम् अत्र तत्र इवेन सह समस्यते चेत् तत् सुबन्तं पदं तस्य सुबन्तपदस्य पूर्वनिपातः भवति. यदि सुबन्तपदस्य पूर्वनिपातः भवति चेत् युवशब्दस्य परनिपातः भवति. इत्युक्ते युवशब्दं युवशब्दः उत्तरपदं भवति इति विषयः. इत्युक्ते आहत्यत्र उत्तरपदम् इव अस्ति, पूर्वपदं किमपि सुबन्तपदं भवितुमर्हति इति अत्र अनेन वार्तिकेन अवगम्यते अस्माभिः. अत्र एकं पदमस्ति फलितार्थः इति पदमस्ति अत्र. संस्कृतभाषा कीदृशी सुन्दरी भाषा पश्यन्तु. अत्र उच्चारणदोषः मा भवेत् इति अत्र अवगन्तव्यं. साधारणतया फलितार्थः इति वदामश्चेत् तत्र फलं फलित इति वदामश्चेत् फलम् अस्य जातम् इति अर्थः. किन्तु अल्पप्राण पकारं योजयित्वा वदामश्चेत् फलितार्थः इति वदामश्चेत् भिन्नार्थः आयाति. साधारणतया फलितकेशाः इत्युक्ते ग्रे हेर्, किन्तु फलितः फलितम् इत्युक्ते रिसल्ट्. तत्र केवलं फलितम् इति वदामश्चेत् फलितकेशाः इति वदामश्चेत् तत्र ग्रे हेर् इति अर्थः आयाति. इत्युक्ते तत्र अस्माकम् उच्चारणं सम्यक् भवेत् इति अस्माभिः अवगन्तव्यम्. उत्तमं भगिनि. अत्र अग्रिमं परिच्छेदं भवती एव पठतु.
आं भगिनि. यथा वागर्तौ इव इति लौकिकविग्रहवाक्यं, तस्य समासः वागर्तावेव इति भवति. वागर्तौ इति सुबन्तम् इवेन सह समस्यते. विग्रहस्य समासस्य च भेदः न ज्ञायते, यतोहि विभक्तेः लोपः नास्ति. एतदपि केवलसमासस्य उदाहरणम्. अस्मिन् उदाहरणे इव इति पदेन सह समासः अस्ति. पूर्वपदस्य विभक्तेः लोपः न जातः. वाक् च अर्थः च इति वागर्तौ इति द्वन्द्वसमासः. तदनन्तरं वागर्तौ इव इति केवलसमासः. अर्थवागर्तौ इति पूर्वपदस्य विभक्तेः लोपः न भवति. इवेन सह समासः विभक्त्यलोपश्च इति वार्तिकेन केवलसमासस्य प्रयोगः प्रायेण काव्येषु एव दृश्यते. इवेन सह समासः विभक्त्यलोपश्च इति वार्तिकं कथं अत्र वर्तते इति उदाहरणं दत्तवान्. वागर्तौ इव इति लौकिकविग्रहवाक्यमस्ति. तत् अत्र वागर्तव इति न लौकिकविग्रहं, समासपदः वागर्तव इति भवति. वागर्तव इति सुबन्तपदम् इवेन सह समस्यते. विग्रह अलौकिकविग्रह केवलसमासः भवति. विग्रहसमासस्य विग्रहवाक्यं पश्यामः अत्र विभक्तिलोपः नास्ति वागर्ताव् इति एव अस्ति विभक्तिलोपः नास्ति ततः तदपि केवलसमासः उदाहरणम् अस्मिन् उदाहरणे इव इति पदेन सः समासः अस्ति पूर्वपदव्यक्तिलोपः अहं वदामः ततः वागर्तौ इति अपि समासपदं वाक् च अर्थः च इति वागर्तौ इति द्वन्द्वसमासः तदनन्तरं वागर्तौ इव केवलं सन्धिकार्यं कृत्वा वागर्ताविव भवति स वागर्तव्यव इति केवलसमासः उदाहरणम् अत्र वागर्तौ इति पूर्वपदस्य विभक्तिलोपः न भवति परन्तु वार्तिकं वदति विभक्तिलोपः न अस्ति लोपः न भवति चेत् अपि समासः भवति एवेन सह समासः विभक्तिलोपश्च इति वार्तिकेन सामर्थ्यं वट् यु काल् इट् समन्वयं कर्तुं शक्नुमः
समस्यते
शक्यते केवलसमासप्रयोगः वयं वाक्येषु एव दृश्यते
काव्येषु काव्येषु एव दृश्यते उत्तमम् सुमन् भगिनी वदतु
वागर्तौ इव इत्युक्ते अर्थः कः भगिनि वाक् च अर्थ च वागर्तौ तत् अवगच्छामि किन्तु वागर्तौ इव इत्युक्ते किम्
अत्र किञ्चित् अस्मिन् विषये किञ्चित् वदामि अहं दृष्टवती अतः वदामि अत्र समस्तपदस्य विषये अत्र अत्र समस्तपदमस्ति वागर्धाविव इति पदमस्ति अत्र इदं समस्तपदं कस्मात् स्वीकृतम् इति एकवारं पश्यामश्चेत् कालिदासेन विरचितम् एकं काव्यम् अस्ति रघुवंशम् इति काव्यम् अस्ति तस्मात् काव्यात् रघुवंशस्य प्रथमसर्गे प्रथमः श्लोकः एव अयं श्लोकः श्लोकः कः इति पश्यामश्चेत् वागर्धाविव सम्पृक्तौ वागर्धः प्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ इति तत्र दत्तमस्ति इत्युक्ते अत्र केवलम् एकमेव समस्तपदम् अत्र स्थापितवती भगिनी किन्तु श्लोकस्य विषये किञ्चित् पश्यामश्चेत् यथा भगिन्या उक्तं वाक् च अर्थः च वाक् इति चकारान्तपदं वाक् वाचौ वाचः तत्र चकारान्तपदम् अस्ति वाक् च अर्थः च इति वदामश्चेत् तत्र द्वन्द्वसमासः भवति तेन द्वन्द्वसमासे पदार्थद्वयमस्ति इति कृत्वा द्विवचने वक्तव्यं तदर्थं वागर्धौ इति भवति अर्थः इति उत्तरपदमस्ति अर्थः इति उत्तरपदमस्ति इति कृत्वा तत् पदं पुंलिङ्गे भवेत् तदर्थमेव रामौ इव वागर्धौ इति वक्तव्यं वागर्धौ इत्यस्मिन् पदे इतरेतरयोगद्वन्द्वसमासः अस्ति तदनन्तरं पुनः इव इति पदं योजयित्वा तत्र पुनः समस्तपदं कुर्मः अत्र उत्तरपदम् इव अस्ति इति कृत्वा इवेन सह समासः विभक्त्यलोपश्च इति वार्तिकेन तत्र कार्यं भवति अपि च तत्र यत्र यत्र समस्तपदं निर्माणं भवति तत्र सन्धिः नित्यः इति कृत्वा तत्र यान्तवान्तादेशसन्धिः भवति यचोयवायावः इति सूत्रेण यान्तवान्तादेशसन्धिः भवति अपि च यान्तवान्तादेशसन्धेः प्रसङ्गे एकं परिभाषासूत्रम् अवगन्तव्यं तत् किं भगिनी किञ्चित् वदतु यथासङ्ख्यमनुदेशः समानम् इति एकं परिभाषासूत्रम् अस्ति तेन तया परिभाषया किम् अवगम्यते औ स्थाने अत्र औ अस्ति औ स्थाने औ आदेशः इति कृत्वा तत्र यान्तवान्तादेशसन्धिः भवति किन्तु वयं श्लोकं पश्यामश्चेत् पुनः तत्र अन्वयरचना कथं क्रियते इति एकवारं पश्यामश्चेत् श्लोकविषये अन्वयरचना कथं भवति इति पश्यामश्चेत् वागर्धप्रतिपत्तये इति चतुर्थ्यन्तं रूपं वागर्धप्रतिपत्तये वागर्धौ इव सम्पृक्तौ जगतः पितरौ पार्वतीपरमेश्वरौ वन्दे इति अन्वयः भवति. तत्र एकमेकं पदं स्वीकृत्य वयं परिशीलयामश्चेत् तत्र वागर्धौ इति पदस्य विषये वयं दृष्टवन्तः. किन्तु प्रतिपत्तये इति पदं कथं साधितम् इति पश्यामश्चेत् प्रतिपत्तये इति पदं चतुर्थ्यन्तं पदमस्ति, किन्तु कृदन्तपदं. कथं कृदन्तपदं? प्रति इति उपसर्गः अस्ति, पद् धातुः अस्ति, क्तिं प्रत्ययः अस्ति. पद् धातोः रूपमेव पत्तिः, मन् धातोः रूपं मतिः, गम् धातोः रूपं गतिः. तथा एव अत्र प्रति उपसर्गपूर्वकः पद् धातुतः क्तिन् प्रत्ययस्य योजनेन प्रतिपत्तिः इति पदं निर्मितं भवति. अपि च श्लोके सम्पृक्तौ इति पदमस्ति. सम् उपसर्गपूर्वकः, पृच् धातुः क्तान्तरूपं. सम्पृक्तौ इत्युक्ते सम्मिश्रितौ, वागर्धौ इव सम्मिश्रितौ. तौ कौ इत्युक्ते तौ पार्वतीपरमेश्वरौ. पार्वतीपरमेश्वरौ इति पदे अपि द्वन्द्वसमासः अस्ति, पार्वती च परमेश्वरः च. तत्र पार्वतीपरमेश्वरौ इति इतरेतरयोगद्वन्द्वसमासः अस्ति. अपि च अस्मिन्नेव श्लोके एकम् अन्यत् पदमस्ति, जगतः पितरौ इति पदमस्ति. जगतः पितरौ इत्युक्ते संसारस्य मातापितरौ इति अर्थः. अत्र पितरौ इत्यस्मिन् पदे एकशेषवृत्तिः नाम्ना एकः समासः अस्ति. आं भगिनि उत्तमरीत्या उक्तवती. अत्र पितरौ, यद्यपि पितरौ इति पदं समस्तपदमस्ति, तत्र एकशेषवृत्तिः इति वदामः. तत्र माता इति पदं न श्रूयते चेदपि मातापदं तस्मिन् अन्तर्भूतः. तदर्थमेव तत्र पितरौ इति पदं तत्र दत्तमस्ति. अपि च पार्वतीपरमेश्वरौ वन्दे. वन्दे इत्युक्ते भक्त्या अहं नमस्करोमि इति अर्थः. एतावता अत्र कालिदासः किं वदति इत्युक्ते, अहं विशिष्टशब्दार्थयोः ज्ञानार्थं शब्दार्थौ इव सम्मिश्रितौ जगतः मातापितरौ शिवपार्वत्यौ अथवा पार्वतीपरमेश्वरौ भक्त्या नमस्करोमि इति विषयः तत्र. अस्मिन् श्लोके एकः अलङ्कारः अपि अस्ति, फिगर् आफ् स्पीच् आङ्ग्लभाषायां वदामश्चेत् उत्प्रेक्षालङ्कारः इति अलङ्कारः अपि अस्ति. किन्तु अत्र सम्पूर्णश्लोकः न दत्तः, किन्तु अस्माकं कृते वार्तिकस्य अवगमनार्थं वागर्धाविव इति पदं दत्तमस्ति. वागर्धौ इत्यस्मिन् पदे समासद्वयमस्ति, तत्र इतरेतरयोगद्वन्द्वसमासः अपि च केवलसमासः. केवलसमासस्य समर्थनार्थम् इदं वार्तिकं स्थापितम्. अपि च अत्र एकः मुख्यः विषयः अस्ति, अस्य समस्यपदस्य पठनेन वयं एतत् पदं विग्रहवाक्यं वा अथवा समस्तपदं वा इति द्वयोः मध्ये अर्थभेदम् अवगन्तुं न शक्नुमः. इत्युक्ते अत्र विभक्तिलोपः न भवति इति कृत्वा विग्रहवाक्यं समस्तपदं समानम् इव दृश्यते. इत्युक्ते अत्र विग्रहवाक्य समस्तपदयोः मध्ये अर्थभेदः न ज्ञायते अस्माभिः. किमर्थं न ज्ञायते भगिनी वदतु.
अत्र तु विग्रहवाक्यं समान एव भवति खलु. तत्र इदानीं वयं वदामः सीतापतिः, तत्र वयं सीता पदस्य विभक्ति लोपः भवति. इदानीं अतः वयं वक्तुं शक्नुमः सीतायाः पतिः इति. अत्र तु किमपि लोपः न भवति, अतः किं दृश्यते तथा विग्रहवाक्यमपि तदेव.
उत्तमम् इत्युक्ते अत्र विग्रहवाक्य अपि च समस्तपदयोः मध्ये अर्थभेदः अस्माभिः न ज्ञायते. तत्र कारणं तु विभक्तेः पूर्वपदस्य विभक्तेः लोपः न भवति. अत्र वयम् अग्रे गत्वा अलुक् समासः इति अपि वयं द्रक्ष्यामः. अलुक् समासे अपि विभक्तिलोपः न भवति. अत्रापि तादृशं कार्यमेव भवति. तत्र तयोर्मध्ये साम्यमस्ति वा इति अपि चिन्तनीयम् अस्माभिः.
अपि च इव तु अव्ययं पदम् एव, तस्य किमपि प्रभावः न भवति. वागर्तृ इव तिष्ठति, इव तिष्ठति. अतः किञ्चित् भ्रमः जातः. अहं पृष्टवती इत्युक्ते किम् इति.
अत्र भवत्या यद् अवगतं तद् वदतु. अत्र भवत्याः अवगमनं किं वदतु.
इत्युक्ते इदानीं तु कालिदासः शिवा पार्वती तस्य युगलं किमपि विवरणं ददाति. सः वदति कथं तस्य युगलम् अस्ति, तथा एव मातापितरौ शिवा पार्वती च.
उत्तमं, तथा एव. अत्र यथा वागर्धौ इव सम्मिश्रितौ, अत्र सर्वत्र द्विवचनं दृश्यते. वागर्धौ इव सम्मिश्रितौ पार्वती परमेश्वरौ जगतः पितरौ, एतादृशेषु पदेषु द्विवचनं श्रूयते. अन्ततः गत्वा अस्मिन् श्लोके एकमेव क्रियापदमस्ति, वन्दे. वन्दे इति आत्मनेपदी अस्ति. तत्र एकं वक्तुमिच्छामि वन्द धातोः विषये. वन्द धातुः भवती वदति वा भगिनि अत्र वन्द धातोः विषये किञ्चित्.
इत्युक्ते आत्मनेपदी अस्ति, किन्तु अत्र तु वन्द् अस्ति चेत् द्वितीय एव खलु, न तु चतुर्थी.
इत्युक्ते उत्तमम्. इत्युक्ते अत्र वन्दे किं श्रोतुमिच्छामि इत्युक्ते, तत्र वन्द् धातुः इदित् धातुः. वयं व्याकरणवर्गे वयं पठितवन्तः इदित् धातुः अस्ति इति कृत्वा, तत्र वद्यौ इति इदित् धातुः अस्ति इति कृत्वा, इदितोनुं धातोः इति सूत्रेण मध्ये नुमागमः भवति. मेदचोन्त्यात् परः इति सूत्रेण तत्र नुमागमः भवति. तादृश इदित् धातुः वन्द धातुः. वयं सर्वे पठितवन्तः तस्मिन् विषये. आहत्य समासप्रभेदेषु पञ्चमः प्रभेदः एव केवलसमासः. केवलसमासस्य प्रसङ्गे न केवलं सहसूपा इति सूत्रेण तस्य समर्थनं भवति. अनेन वार्तिकेन समासविधानं भवति, इत्युक्ते तत्र कार्यं भवति. एतत् वार्तिकं विधिसूत्रम् इव कार्यं करोति. अपि च अहम् एकम् अन्यत् पदमपि दृष्टवती. तत् पदं किमित्युक्ते जीमूतस्येव इति एकं पदं दृष्टवती. तस्मिन् पदे अपि जीमूतस्येव इति समस्तपदमस्ति. तस्मिन् पदे अपि अनेन वार्तिकेन कार्यं क्रियते. तत्र जीमूतस्य इति पूर्वपदम्, इव इति उत्तरपदं. ते तत्र गुणसङ्ख्यं भूत्वा भगिनि
अत्र नास्ति, करपत्रे नास्ति.
करपत्रे नास्ति भगिनि, केवलम् अहं दृष्टवती अतः वदामि.
अस्तु अस्तु, तस्य अर्थः किं जीमूतस्य?
जीमूतस्य इव, तत्र केवलं समस्तपदं वदन्ती अस्मि. जीमूतस्य योगः इव इति योजयामश्चेत् उत्तरपदम् इव अस्ति, अव्ययपदं. तत्र गुणसन्धिः भूत्वा जीमूतस्येव इति रूपम् अस्ति. किन्तु अत्र पूर्वपदस्य विभक्तिः जीमूतस्य इत्यस्मिन् षष्टिविभक्ति एकवचनप्रत्ययः नस् प्रत्ययः अस्ति. किन्तु अनेन वार्तिकेन नस् प्रत्ययस्य लोपः न भवति. विभक्तिः यथा विभक्तिप्रत्ययः यथावत् तिष्ठति तत्रापि. यत्र यत्र तादृशानि पदानि समस्तपदानि निर्मितानि तेषां समर्थनार्थम् अथवा तेषु अनेन वार्तिकेन कार्यं भवति इति विषयः.
सूत्रमेव कार्यं न करोति वा? तत्रापि इव एव अस्ति खलु?
आं भगिनि, तत्रापि इव एव अस्ति.
इदेन सह समासः वार्तिकं कार्यं करोति.
तत्रापि एतत् वार्तिकमेव कार्यं करोति. किन्तु अत्र एतादृशानि पदानि केवलं काव्येषु एव दृश्यन्ते, किन्तु वयं तादृशरीत्या कर्तुं न शक्नुमः. इत्युक्ते न करणीयः इत्युक्ते तत्र अनियर् प्रत्ययान्तरूपं विध्यर्थे तादृशानि समस्तपदानि अस्माभिः न कर्तव्यानि, न निर्मातव्यानि इति विषयः. उत्तमम्. अधुना अग्रे गत्वा अत्र समासप्रक्रियायाः विषये वयं पूर्वमेव किञ्चित् दृष्टवन्तः, समासप्रक्रियायां कानि सोपानानि सन्ति इति अद्य परिशीलनीयम्. अत्र अरविन्दमहोदय, भवान् पठतु.
धन्यवादः भगिनि.
धन्यवादः.
आं भगिनि, इति समासस्य पञ्चभेदाः के इति ज्ञातवन्तः. अग्रे समासस्य प्रक्रियाः पठ्यते. समासप्रक्रियाचिन्तनं. यत्र समासप्रक्रिया सारांशरूपेण उच्यते. प्रथमं विग्रहवाक्यं. सर्वदा प्रसङ्गम् अवलम्ब्य विग्रहः वक्तव्यः. समासस्य अर्थावगमनम् एव अस्माकं प्रथमं कार्यम्. अर्थम् आश्रित्य विग्रहवाक्यं चिन्तयन्तु. समासस्य प्रक्रिया अलौकिकविग्रहवाक्यात् आरभ्यते. समासविधायकं सूत्रम् अवलम्ब्य एव अलौकिकविग्रहवाक्यात् विग्रह चिन्तनीय. प्रक्रियासमये प्रथमसोपानमस्ति विग्रहवाक्यं. विग्रहवाक्यम् अस्ति चेत् लौकिकविग्रहवाक्यमपि चेत् अलौकिकविग्रहवाक्यमपि वर्तते. तत्र प्रथमदृष्ट्या लौकिकविग्रहवाक्यमेव अहं जानाति. तत् विग्रहवाक्यम् अर्थ अवलम्ब्य अलौकिकविग्रहवाक्यं कर्तुम् इच्छामि. तदनन्तरम् अलौकिकविग्रहवाक्यचिन्तने समये किं विधायकसूत्रं तत्र प्रसक्तिः भवति इति भी चिन्तनीयः.
आम् महोदय, भवान् यदि उदाहरणं स्वीकृत्य वक्तुमिच्छति चेत् वदतु.
उदाहरणे राजपुरुष एव षष्टिसत्पुरुषसमासस्य उदाहरणं दत्तं. तस्य प्रसङ्गे राजपुरुष इति समस्तपदं श्रूयते. तत् अस्माभिः चिन्तनीय कि राजः पुरुषाय द्वे पदे वर्तते. तस्य लौकिकविग्रहवाक्यं प्रथमतया राज्ञः पुरुषः इति अहं जानीमः. राजपुरुषः इति द्विपदे अलौकिकविग्रहवाक्यं कर्तुं चेत् राजः इति षष्टिपदस्य प्रक्रियः योगपुरुषः राज्ञः इति षष्टिपदं तस्य
न श्रूयते महोदय. अत्र किमपि न श्रूयते. अत्र अहं किञ्चित् वदामि. वदति वा महोदय. अत्र किमपि न श्रूयते अतः अहं वदामि. समासप्रक्रिया इति पदमस्ति. तत्रापि षष्टितत्पुरुषसमासः समासस्य प्रक्रिया सारांशः सारः इति वयं जानीमः. सारस्य अंशः इत्युक्ते श्रुधातोः रूपं सारः, सारस्य अंशः, सारांशः. अपि च अत्र विग्रहवाक्यं द्विधा भवति इति वयं जानीमः, अलौकिकविग्रहवाक्यं लौकिकविग्रहवाक्यम्, अर्धावबोधनार्थम् अर्धावगमनार्थं लौकिकविग्रहवाक्यं वक्तव्यं. किन्तु समासप्रक्रिया प्रक्रियायां यद्यपि सोपानानि सन्ति, प्रथमं सोपानं किम् इति पश्यामश्चेत् अलौकिकविग्रहवाक्यात् समासप्रक्रिया आरभ्यते इति पदमस्ति. अत्र आरभ्यते इति पदमस्ति, कोऽपि वदति वा अत्र कीदृशं पदम् एतत् पदम्? कोऽपि वदतु. आत्मनेपदी इति न वदामः, किन्तु तत्र कर्मणि प्रयोगे आत्मनेपदी इव तत्र प्रत्ययस्य योजनं भवति. आरभ्यते तत्र अ उपसर्गपूर्वकः रभ् धातुः, कर्मणि लट् इति वक्तव्यम्. आरभ्यते इति पदमस्ति. अपि च अत्र अवलम्ब्य इति एकं पदमस्ति. अवलम्ब्य इति कीदृशं पदम्? इतोपि किञ्चित् वदतु भगिनि अवलम्ब्य इत्यस्मिन् विषये.
अव उपसर्ग लब्धातु वा?
तत्रापि इदित् धातुः लभ्यो.
ओ अस्तु अस्तु.
इदित् धातुः तत्र लभ्यो इति औपदेशिकधातुः, औपदेशिकधातुः, किन्तु लम्ब् इति लौकिकधातुः अस्ति. तत्रापि
इदितोमागमः भवति, नकारस्य स्थाने मकारः भवति.
उत्तमम् उत्तमम्. इत्युक्ते प्रथमतया इदितोनुं धातोः इति सूत्रेण लभ्यौ इति धातुतः तत्र इतिसंज्ञकवर्णानां लोपानन्तरं तत्र मध्ये नुमागमः भवति इदितोनुं धातोः सूत्रेण. तत्र परिभाषासूत्रं मेदचोन्त्यात् परः इति सूत्रेण मध्ये नुमागमः भवति. अपि च यथा भगिन्या उक्तं, प्रथमतया नकारः आयाति, नकारस्य स्थाने तत्र परसवर्णादेशः भवति. नकारस्य स्थाने तत्र अनुस्वारस्य एगी परसवर्णः इत्यनेन मकारः भवति. तादृशरीत्या तत्र लम्ब् इति रूपम् अस्ति, लट्लकाररूपं लम्बते. किन्तु अत्र अव उपसर्गपूर्वकः लम्ब् धातुः, तेन अवलम्ब्य इति रूपम् आयाति. आहत्य अत्र अलौकिकविग्रहवाक्यस्य कथनेन अस्माकं समासप्रक्रिया आरभ्यते इति विषयः. उत्तमम्. अनन्तरं दर्शनभगिनी भवती पठतु.
आं भगिनि, श्रूयते वा भगिनि? श्रूयते
वा? श्रूयते.
तर्हि समासविधानं, समासस्य विधानार्थं विधायकं सूत्रम् अस्ति वा इति दृश्यताम्. समासविधायकं सूत्रं नास्ति चेत् अस्माभिः समासः न करणीयः. परन्तु काव्येषु तादृशः समासः अस्ति चेत् सः सुपा इति सूत्रेण समर्थनीयः. अष्टाध्याय्यां चत्वारः अधिकाराः सन्ति, अव्ययीभाव अधिकारः, अधिकारः बहुव्रीहि अधिकारः, द्वन्द्व अधिकारः चेत् प्रत्येकस्मिन् अधिकारे समासविधायकसूत्राणि सन्ति. समाससम्बद्धसूत्रे सुप् इत्युक्ते सुबन्तं पदं, सुपा इत्युक्ते सुबन्तेन पदेन इत्यर्थः. तर्हि वयं दृष्टवन्तः समासस्य प्रक्रियायां प्रथमं सोपानं तु चर्चितमस्ति. द्वितीयं सोपानम् अस्ति विधानार्थं, तत् कर्तुं विधायकसूत्रम् अस्ति वा न इति वयं चिन्तनीयम्. सूत्रं नास्ति चेत्, सूत्रम् अस्ति चेत् वयं तत्र तस्य प्रयोगं करणीयं, नास्ति चेत् समासः भवितुम् अर्हति. परन्तु कविनां तर्हि तत् अधिकारः अस्ति, कवि प्रयोजनं कर्तुं शक्नुवन्ति परन्तु काव्येषु तर्हि अस्ति चेत् सः सुपा इति सूत्रेण ते कुर्वन्ति चत्वारः अधिकाराः सन्ति अव्ययीभावः तत्पुरुष बहुव्रीही अधिकार द्वन्द्व अधिकार प्रत्येकस्मिन् अधिकारे समासविधायकसूत्राणि सन्ति तर्हि यदि किं ते प्रत्येकस्मिन् अधिकारे समासविधायकसूत्राणि सन्ति सूत्राणि अस्ति चेत् करणीयम् अन्यथा नैव समाससम्बद्धसूत्रे सुप् इत्युक्ते सुबन्तं पदं सुपा इत्युक्ते सुबन्तेन पदेन इत्यर्थः तर्हि तत्तु वयं दृष्टवन्तः विधायकसूत्रं कथं अप्लै करणीयम् इति
इतोपि वक्तुमिच्छति वा किमपि अस्मिन् सन्दर्भे
इतोपि किमपि न
अस्तु इत्युक्ते अत्र किञ्चित् वदामि अत्र समासविधानं
धन्यवादः भगिनि क्षम्यतां भगिनि
चिन्ता मास्तु अत्र समासविधानम् इति समस्तपदमस्ति तत्र विधानम् इति कृदन्तपदं वि उपसर्गपूर्वकः धाधातुः धाधातुः जुहोत्यादिगणीयधातुः दाधातुः अपि जुहोत्यादिगणीयधातुः धाधातुः अपि जुहोत्यादिगणीयः दधाति इति रूपमस्ति किन्तु विधानम् इति ल्युडन्तं पदमस्ति ल्युट् प्रत्ययान्तरूपमस्ति अत्र एतावता अस्मिन् परिच्छेदे किं लिखितं समासविधायकसूत्रं नास्ति चेत् समासः न करणीयः इति प्रथमविषयः द्वितीयः तु यद्यपि तादृश कानिचन समस्तपदानि केषाञ्चन समस्तपदानां प्रसङ्गे तत्र विधायकसूत्रं नास्ति चेत् सहसुपा इति सूत्रेण आर्षप्रयोगाणां समर्थनं करणीयम् अथवा शिष्टप्रयोगाणां समर्थनं सहसुपासूत्रेण करणीयः इति अन्यः विषयः अपि च अत्र एकं पदमस्ति प्रत्येकस्मिन् अधिकारे इति पदद्वयमस्ति तस्मिन् विषये किञ्चित् वदामि अत्र प्रत्येकम् इति एकं पदमस्ति प्रत्येकम् इति समस्तपदं तत्र अव्ययीभावसमासः अस्ति प्रति इति पूर्वपदमस्ति अव्ययपदमस्ति एकम् एकं प्रति इति वक्तव्यं तत्र प्रत्येकं किन्तु प्रत्येकम् इति पदं यद्यपि समस्तपदमस्ति किन्तु तस्य प्रयोगः भिन्नविभक्तिषु कथं भवति इति पश्यामश्चेत् सप्तमीविभक्त्यां प्रत्येकस्मिन् अधिकारे इति वक्तुं शक्नुमः किन्तु षष्टिविभक्तेः प्रसङ्गे प्रत्येकस्य अधिकारस्य इति वदामश्चेत् असाधुरूपं भवति समीचीनं रूपं न भवति इत्युक्ते षष्टिविभक्तेः सन्दर्भे इत्युक्ते अस्य पदस्य प्रयोगं षष्टिविभक्त्यां कर्तुमिच्छामश्चेत् प्रत्येकम् अधिकारस्य इति वक्तव्यं प्रत्येकस्य अधिकारस्य इति असाधुरूपम् समीचीनं पदं नास्ति तत्र विशिष्टनियमः अस्ति तदर्थमेव प्रत्येकं पुरुषस्य प्रत्येकम् अधिकारस्य प्रत्येकं वाक्यस्य इति एव साधुरूपं भवति तत्र अपि च सहसुपा इति सूत्रस्य प्रसङ्गे वयं पूर्वमेव दृष्टवन्तः तत्र पदद्वयमस्ति इत्युक्ते आहत्य सुबन्तपदं किमपि सुबन्तपदं समर्थेन सुबन्तपदेन सह समस्यते इति एव सः सुपा इति वदति तत् वयं ज्ञातवन्तः अत्र इतोपि किमस्ति किमपि चत्वारि अधिकारसूत्राणि सन्ति उत्तमं ललिता भगिनी भवती पठतु अग्रिमपरिच्छेदम्
पठामि
आदौ
आदौ समाससंज्ञा विधीयते प्राक्कडारात् समासः इति सूत्रेण तदनन्तरं विशिष्टसमाससंज्ञा विधीयते विशिष्टसूत्रेण यथा तत्पुरुषसंज्ञा द्वन्द्वसंज्ञा बहुव्रीहिसंज्ञा अव्ययी भावसंज्ञा इति आदयः
किञ्चित् वदतु
तृतीया सोपानम् आदौ समाससंज्ञा प्राक्कडारात् समासः इति सूत्रेण विधीयते तदनन्तरम्
इत्युक्ते अत्र वयं पूर्वं कोऽपि वदति वा प्राक्कडारात् समासः इत्यस्मिन् विषये किञ्चित् विवृणोति वा भवती वा अथवा कोऽपि सरला भगिनी भवती वक्तुमिच्छति वा किञ्चित्
प्राक्कडारात् समास इति द्वितीयप्रथमपादस्य तृतीय सूत्र आरभ्य करारसमासपर्यन्तं तस्य अधिकारः अस्ति तस्य पूर्वं ये समासः सन्ति ते नित्यं समासः इति अहं चिन्तयामि इति आसीत्
सम्यक् सम्यक् भगिनी उत्तमरीत्या उक्तवती तत्र एकं सूत्रमस्ति कडाराः कर्मधारये इति सूत्रं कडाराः कर्मधारये पर्यन्तम्
इत्युक्ते अष्टत्रिशन्ति सूत्रम् अहं च कडारा समास
उत्तमम्
इति द्वितीय अध्याये अस्ति वा प्रथम अध्याये तत् विश्रमति
इत्युक्ते अत्र अस्मिन् सूत्रे त्रीणि पदानि सन्ति प्राक् कडारात् समासः इति त्रीणि पदानि सन्ति इत्युक्ते कडारात् प्राक् इति इत्युक्ते पूर्वम् इति अर्थः कडारात् प्राक् समासः इति अत्र त्रीणि पदानि सन्ति अत्र समासः इति पदम् अस्मिन् संज्ञा एतत् सूत्रं संज्ञासूत्रम् अनेन सूत्रेण समाससंज्ञा दीयते आरम्भे समासः इति पदं प्रत्येकस्मिन् अन्येषु तत्र अधिकारसूत्रेषु समासः समासः इति पदम् अनुवृत्तिरूपेण अस्मात् सूत्रात् अनुवृत्तिरूपेण आयाति इति विषयः समासः इत्युक्ते इतः परं कडाराः कर्मधारये सूत्रपर्यन्तं समाससंज्ञकाः भवन्ति इति विषयः अस्ति अत्र अनेन सूत्रेण सामान्यसमाससंज्ञा विधीयते किन्तु विशिष्टसूत्रेण विशिष्टसमाससंज्ञाः दीयन्ते इति विषयः अत्र एतत् सर्वं वयं पठितवन्तः अग्रे भवती एव पठतु भगिनि अग्रे किं दत्तमस्ति
समासकृते तद्वितसमासाश्च इति सूत्रेण समासस्य प्रातिपदिकसंज्ञा विधीयते सूत्रेण समासस्य प्रातिपदिकम् विधीयते इति जानामि
इत्युक्ते अत्र अस्य सूत्रस्य प्रसक्ते सन्दर्भे इतोपि अस्माभिः किञ्चित् अवगन्तव्यम् अत्र पश्यन्तु वाक्ये समासकृते इत्युक्ते समासनिर्माणसमये कृत्तद्धितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा दीयते यदि प्रातिपदिकसंज्ञा नास्ति चेत् किं भवति इति अपि ज्ञातव्यम् इत्युक्ते प्रातिपदिकसंज्ञा अनेन सूत्रेण दीयते कोऽपि वदति वा प्रातिपदिकसंज्ञा नास्ति चेत् तत्र कीदृशप्रभावः भवति
प्रातिपदिकं नास्ति चेत् तत्र पुनः सुप्तस्य न योजितुं शक्नुमः
उत्तमम् तदर्थमेव प्रातिपदिकसंज्ञायाः आवश्यकता अपि अस्ति तदर्थमेव पूर्वसूत्रेण प्राक्कडारात् समासः सूत्रेण समाससंज्ञा सामान्यसमाससंज्ञा विधीयते अनेन सूत्रेण प्रातिपदिकसंज्ञा दीयते अत्र एतत् सूत्रम् अस्माकं कृते नूतनं सूत्रम् अस्ति इति कृत्वा तस्य सूत्रस्य प्रसङ्गे किञ्चित् ज्ञातव्यं, तदर्थं सूत्रं पठामः. अत्र जगन्नाथ महोदय भवान् पठतु.
अस्तु, अस्तु. समासकृते कृत्तद्धितसमासाश्च इति सूत्रेण समासस्य प्रातिपदिकसंज्ञा विधीयते.
सूत्रं पठतु महोदय, अग्रे किञ्चित् अधोभागे सूत्रं दत्तमस्ति. कृत्तद्धितसमासाश्च.
अस्तु, ओ अस्तु, एकनिमिषम्. कियत् अनुभागं गन्तव्यम्? अत्र प्राप्तम्. कृत्तद्धितसमासश्च प्रथमाध्याये द्वितीयपादे षड् चत्वारिंशत् सूत्रम् इति. कृदन्ताः तद्धितान्ताः समासाः च अपि प्रातिपदिकसंज्ञकाः. कृ च तद्धितश्च समासश्च कृत्तद्धितसमासाः इतरेतरद्वन्द्वः. कृत्तद्धितसमासाः प्रथमान्तं च अव्ययपदं द्विपदम् इदं सूत्रम्. अर्थवद् अधातुरप्रत्ययः प्रातिपदिकम् इत्यस्मात् अर्थवत् प्रातिपदिकम् इत्यनयोर् अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अर्थवन्तः कृत्तद्धितसमासाश्च प्रातिपदिकानि इति.
किञ्चित् वदतु.
कृदन्ताः तद्धितान्ताः समासाः च प्रातिपदिकसंज्ञकाः इति. अस्तु, एतेन सूत्रेण कृदन्तरूपम् उपयुज्य तद्धित प्रत्ययापि उपयुज्य समस्तपदानि कर्तुं शक्नुमः इति. अतः तेन नूतनप्रातिपदिकम् इति भवन्ति इति सूचयति.
इतोपि किञ्चित् वदामि अस्मिन् विषये. अत्र कृदन्ताः इति पदमस्ति. तत्र कृदन्ताः इति इत्युक्ते यस्य अन्ते कृत् प्रत्ययः अस्ति सः. अत्र कृदन्तः इति पदं बहुव्रीहिसमासयुक्तं पदं, तथा एव तद्धितान्तः इति अपि. यस्य अन्ते तद्धितप्रत्ययः अस्ति सः, तत्र बहुव्रीहिसमासः अस्ति. तत्र एतावता अस्मिन् सूत्रे कति पदानि सन्ति वदतु.
समास ते त्रीणि पदानि, त्रीणि मुख्यपदानि चापि.
न महोदय, न महोदय, तत्र कथा. सुमन् भगिनी वदतु. सुमन् भगिनी,
कृत्तद्धितसमासा एकपदम् अस्ति, च अव्ययं द्वितीयपदम् अस्ति, द्विपदं सूत्रम्.
उत्तमम्. अत्रैव लिखितमस्ति द्विपदमिदं सूत्रम् इत्युक्ते, यद्यपि अस्माकं कृते त्रीणि पदानि सन्ति, चत्वारि पदानि सन्ति इति भाति, किन्तु अत्र एकमेव समस्तपदं कृतं. कृत्तद्धितसमासाः इति एकं पदम् अत्र. कृत् च तद्धितश्च समासः च कृत्तद्धितसमासाः. तत्र द्वन्द्वसमासः अस्ति. तत्र पदं, तस्मिन् पदे त्रीणि पदानि सन्ति इति कृत्वा तत्र बहुवचने रूपं दत्तमस्ति. यथा कथं वक्तव्यं, रामलक्ष्मणभरतशत्रुघ्नाः इव. अत्र एकमेव समस्तपदं निर्मितमस्ति. अत्र इतरेतरयोगद्वन्द्वसमासः अस्ति अस्मिन् सूत्रे. अपि च इति अव्ययपदमपि दत्तमस्ति. किन्तु कृत्तद्धितसमासाश्च इत्यस्मिन् सूत्रे प्रातिपदिकम् इति पदं नास्ति. किन्तु कृत्तद्धितसमासाश्च सूत्रेण प्रातिपदिकसंज्ञा दीयते इत्युक्ते, तत्र प्रातिपदिकमिति पदं कुतः आगतं वदतु महोदय. अनुवृत्तिरूपेण अर्धवत् अधातुरप्रत्ययः प्रातिपदिकम्. तत्र सूत्रसङ्ख्यां पश्यन्तु. सूत्रसङ्ख्यां पश्यामश्चेत् तत्र पञ्चचत्वारिंशत्तमं सूत्रं पूर्वसूत्रम् अर्धवत् अधातुरप्रत्ययः प्रातिपदिकं. किन्तु परसूत्रमस्ति षट् चत्वारिंशत्तमं सूत्रं कृत् अधितसमासाश्च. अत्र एतावत् पूर्वसूत्रात् प्रातिपदिकम् इति पदम् अनुवृत्तिरूपेण आयाति. अत्र अर्धवत् इति एकं पदमस्ति. कोऽपि वदति वा अर्धवत् इति कीदृशं पदम्? उत्तमम् उत्तमं भगिनि. अत्र मतु प्रत्ययान्तरूपम्. अत्र अर्ध इति पदम् अकारान्तपदमस्ति इति कृत्वा तत्र वत् इति आयाति. धनवत्, यस्य यस्मिन् धनमस्ति सः धनवान्. पुंलिङ्गे वदामश्चेत् धनवान्, किन्तु नपुंसकलिङ्गे वदामश्चेत् धनवत् मित्रम् इति भवति. अत्र शब्दस्वरूपम् अर्धवत् भवेत् इति विषयः. शब्दस्वरूपम् इति नपुंसकलिङ्गपदमस्ति इति कृत्वा अत्र अर्धवत् इति. किन्तु पुंलिङ्गपदं मतुप्रत्ययान्तरूपं ज्ञातुमिच्छामश्चेत् अर्धवान्, अर्धवान् शब्दः अर्धवत् पदम् इति. तत्र अर्धवत् इति पदस्य अनुवृत्तिः अस्ति, अपि च प्रातिपदिकम् इति पदस्य अनुवृत्तिः अपि अस्ति. तदर्थमेव अनुवृत्तिसहितसूत्रं पुनः पठतु महोदय. पठति वा महोदय?
अर्धवन्तः कृत्तद्धितसमासाश्च प्रातिपदिकानि. अर्थवन्तः इति तु बहुवचन मतुप्रत्ययस्य. कृत्तद्धितसमासाश्च प्रातिपदिकानि तयोर् मेलनेन नूतनप्रातिपदिकम् इति भवति इति अर्थं वा?
हा, इत्युक्ते अत्र किं वक्तव्यम् इत्युक्ते अत्र अर्धवत् अधातुरप्रत्ययः प्रातिपदिकम् इति सूत्रं पश्यामश्चेत् तत्र सूत्रं किं वदति इत्युक्ते प्रातिपदिकं नाम किम् इति प्रश्नः उदेति. प्रातिपदिकं नाम किम् इत्युक्ते यत् पदम् अर्धवान् भवेत् अथवा अर्धवत् भवेत् अधातुः, धातुः नास्ति, अप्रत्ययः, प्रत्ययपदं नास्ति चेत् तस्य नाम एव प्रातिपदिकम्. प्रातिपदिकम् इत्यस्य निर्वचनं ददाति अर्धवत् अधातुरप्रत्ययः प्रातिपदिकम् इति सूत्रं. किन्तु अर्धवत् अपि च प्रातिपदिकं द्वयोः अनुवृत्तिः अस्मिन् सूत्रे दत्तमस्ति. अत्र इतोपि अस्य प्रसङ्गे किञ्चित् ज्ञातव्यम्. अग्रे पठतु महोदय.
भगिनि
वदतु,
पुनः वदतु प्रातिपदिकम् अर्थं किम्? प्रातिपदिकम्
इत्युक्ते यत् पदम् अर्धवान् अर्धवत् पदं भवेत् अधातुः भवेत् अप्रत्ययः. अधातुः अप्रत्ययः, तत्रापि नैतत्पुरुषसमासः अस्ति. इत्युक्ते अत्र तत् अर्थवत् इति पदम् अत्र अनुवृत्तिरूपेण आयाति. अग्रे पठतु महोदय.
अनेन सूत्रेण धातुतः कृत् प्रत्ययस्य विधानेन यत् रूपं निष्पन्नं तत् प्रातिपदिकं कृदन्तम् इति. द्वितीयं, धातुभिन्नप्रकृतितः प्रत्ययस्य विधानेन यत् रूपं निष्पन्नं तत् प्रातिपदिकं तद्धितान्तम्. द्वितीयं, पदानि यत्र समस्यन्ते तत्र नूतनतया निष्पन्नरूपं प्रातिपदिकं समासः इति.
किञ्चित् वदतु.
धातुतः कृत् प्रत्ययस्य विधानेन यत् रूपं निष्पन्नं तत् प्रातिपदिकम् इति उच्यन्ते. अस्तु, धातु कृत् प्रत्ययस्य विधानेन यत् रूपं निष्पन्नं यथा कार्यं कृतं तथा कृतम् इति कृत इति एकं प्रातिपदिकं कृदन्तप्रातिपदिकम् इति
उत्तमम् इत्युक्ते अत्र किञ्चित् वदामि अत्र महोदय किञ्चित् वदामि अत्र धातुतः अत्र अस्मिन् वाक्ये मुख्यपदानि कानि पश्यामश्चेत् धातुतः कृत् प्रत्ययस्य योजनेन यत् रूपं निष्पन्नं भवति तत् एकं प्रातिपदिकम् इत्युक्ते कृदन्तपदस्य कृते अपि प्रातिपदिकं सम्भवति अस्मिन् वाक्ये कानिचन कृदन्तपदानि सन्ति भवान् वक्तुं शक्नोति वा अत्र अस्मिन् वाक्ये कृदन्तपदानि कानि
विधानेन
कृत् इति एकं कृदन्तपदं रूपं तत्
इत्युक्ते अस्माकम् अवगमनार्थं कृदन्तपदं नाम किम् इति ज्ञातव्यम् अत्र विधानम् इति पदं कृदन्तपदम् अत्र सुमन् भगिनी किञ्चित् वदतु विधानं कृदन्तपदं कथं भवति
अहं तु सर्वे प्रत्याः नाम सम्यक् न जानामि किन्तु धातुतः अनन्तरं कृत् प्रत्यय अस्ति चेत् प्रायः अत्र नुल् वा
ल्युट् ल्युट् प्रत्यय
सर्वे प्रत्ययः सर्वानां प्रत्ययानां नाम सम्यक् न स्मरामि अस्तु ल्युट् भवति अतः इदानीं ल्युट् स्थाने अन आदेशः भवति विधानं भवति
उत्तमम् इत्युक्ते उत्तमं भगिनी उषा भगिनी उक्तवती युवोरनाकौ सूत्रेण तत्र विधानम् इति पदं कृदन्तपदं कथं वि उपसर्गः अस्ति धा धातुः अस्ति धा धातुतः ल्युट् प्रत्ययस्य योजनेन तत्र कृदन्तप्रातिपदिकं सिद्ध्यति अन्ततो गत्वा वयं पुनः सुप्रत्ययम् अन्ते योजयामः अपि च अत्र निष्पन्नम् एकं पदमस्ति निष्पन्नं पदमपि कृदन्तपदमेव उपसर्गः अस्ति पद् धातुः अस्ति कृतान्तरूपं निष्पन्न पद् धातोः रूपं पन्न इति भवति पठ् धातोः रूपं पठित इव अत्र पन्न निष्पन्न इति प्रातिपदिकं निष्पन्न इति प्रातिपदिकं किन्तु प्रातिपदिकात् कृदन्तप्रातिपदिकात् पुनः सुप्रत्ययानां योजनं भवति यदा भगिन्या उक्तं प्रातिपदिकसंज्ञा नास्ति चेत् सुप्रत्ययानां योजनं न भवति इति कृत्वा तत्र प्रातिपदिकसंज्ञा अनेन सूत्रेण दीयते कुत्र इत्युक्ते कृदन्तपदेषु इति विषयः द्वितीयं वाक्यं पठतु महोदय वदतु
भगिनि सुलभम् उदाहरणम् अस्ति तव तु प्रत्यय कृतवान् कृतवन्तौ कृतवन्तः नो चेत् कृतवती तत्र तु सुलभं भवति नो चेत् चक्रशान
इत्युक्ते तत्र तावत् प्रत्यये तत्र यथा भवत्या उक्तं तत्र प्रातिपदिकं किम्
पठति अस्ति चेत् पुल्लिङ्गे पठितवान् स्त्रीलिङ्गे पठितवती नपुंसकलिङ्गे अपि पठितवत् भवति प्रातिपदिकम् अपि
न भगिनी तथा न भवति इत्युक्ते तत्र पठितवत् इति प्रातिपदिकम् इत्युक्ते पठितवत् इति प्रातिपदिकम् अस्ति तकारान्तप्रातिपदिकं पुंलिङ्ग पुंलिङ्गे
पठितवान् स्त्रीलिङ्गे पठितवती
उत्तमम् इत्युक्ते प्रथमाविभक्ति एकवचनरूपं पुंलिङ्गे पठितवान् भवति स्त्रीलिङ्गे पठितवती भवति इत्युक्ते तत्र स्त्रीलिङ्गरूपाणसाधनार्थं तत्र स्त्रीप्रत्ययानां योजनं भवति किन्तु प्रातिपदिकं तु पठितवत् यदा भगिन्या उक्तं पठितवत् इति तत्र कृदन्तपदमस्ति धातुतः निर्मितानि पदानि कृत् प्रत्ययस्य योजनेन निर्मितानि तानि कृदन्तानि इति विषयः अग्रिमं वदतु महोदय
धातु भिन्नप्रकृतितः प्रत्ययस्य विधानेन रूपं निष्पन्नं तत् प्रातिपदिकं तद्धितान्तम् अस्तु अस्तु
धातु भिन्न प्रकृतितः प्रत्ययस्य विधानेन अस्तु यदि कृतीति इत्युक्ते यद् प्रातिपदिकम् अस्ति तदेव प्रकृति एतद् प्रकृति इत्युक्ते यद् रूपं भवति विना प्रत्यये विना तदेव प्रकृति यथा कृत इति कृत् कृत् प्र कृत इति प्रातिपदिकं भवति एतद् एक उदाहरण प्रातिपदिकस्य उदाहरणं भवति तथा अत्र तद्धिता यदि रूपं योजयामश्चेत् किन्तु कृतमध्ये तद्धित कारयित इति भवति तद् तद्धितान्तम् इति वदामः वा
न न महोदय अत्र किञ्चित् तद्धितान्तपदम् अत्र किञ्चित् वदामि अत्र साधारणतया प्रकृतिप्रत्यययोः मेलनेन एव पदं सिद्ध्यति प्रकृतिप्रत्यययोः मेलनं पूर्वस्मिन् तत्र पूर्वतनबिन्दुः अस्ति धातुतः कृत् प्रत्ययस्य योजनेन कृदन्तम् किन्तु अत्र विषयः तु धातुभिन्नप्रकृतिः धातुभिन्नप्रकृतिः कः प्रकृतिः का इत्युक्ते नामपदानि इत्युक्ते प्रातिपदिकानि अत्र विषयः तु धातुभिन्नप्रकृतिः प्रातिपदिकात् तद्धितप्रत्ययस्य योजनेन तद्धितान्तपदानि सिद्ध्यन्ति अस्मिन्नेव वाक्ये एकं पदमस्ति प्रातिपदिकम् इति पदमस्ति तत् पदं तद्धितान्तं पदं तत्र कथं वक्तव्यं तद्धितान्तपदानां कृते अपि विग्रहवाक्यं सम्भवति इत्युक्ते समस्तपदानां विषये यादृशरीत्या वयं समास विग्रहवाक्यं लौकिकविग्रहवाक्यम् अर्धबोधनार्थम् अर्थावगमनार्थं वदामः तथा एव तद्धितान्तपदेषु अपि विग्रहवाक्यं वक्तव्यं भवति प्रातिपदिकं तत्र प्रतिपदस्य भावः प्रातिपदिकम् इति भवति तत्र तत् पदं तद्धितान्तं पदं किन्तु साधारणं पदम् अस्माकं कृते दशरथस्य पुत्रः दाशरथिः इति तद्धितान्तपदम् इत्युक्ते तद्धितान्तपदानां कृते अपि अनेन सूत्रेण प्रातिपदिकसंज्ञा दीयते न केवलं कृदन्तानां प्रसङ्गे तद्धितान्तानां प्रसङ्गे अपि अनेन सूत्रेण एव प्रातिपदिकसंज्ञा विधीयते इति विषयः तृतीयबिन्दुः
पदानि यत्र समस्यन्ते तत्र नूतनतया निष्पन्नरूपं प्रातिपदिकं समासः अस्तु कृत्सिद्धान्तरूपं मिलित्वा यद् यत्र नूतनप्रातिपदिकं निष्पन्नं भवति इति वदति किं
अनेन किम् अवगम्यते अस्माभिः
यत् प्रायः कारयित इति मया पूर्वे उक्तं तदा अत्र प्रायः कृदन्तरूपं कृत इति तत्र तद्धित प्रत्यय योजयित्वा कारयित इति भवति कारयित तर्हि
तत्पदं त्यजतु अत्र विषयः तु पदानि अत्र वाक्यं पुनः पठतु पदानि यत्र समस्यन्ते तत्र नूतनतया निष्पन्नं रूपं प्रातिपदिकं भवति इति विषयः इत्युक्ते साधारणतया सुबन्तपदानां मध्ये सुबन्तपदानां मेलनेन एव समासः भवति यत्र यत्र परस्पर अन्वितयोः पदयोः मध्ये एव समासः भवति अपि च द्वयोः वा अथवा बहूनां पदानां मेलनेन यत् नूतनपदस्य निर्माणं भवति तत्र एकार्थीभावसामर्थ्यं वर्तते एतत् सर्वं वयं पठितवन्तः इत्युक्ते समासप्रातिपदिकनिर्माणं तत्र समस्तपदस्य कृते प्रातिपदिकसंज्ञा अपि अनेन सूत्रेण दीयते पूर्वम् अस्माभिः पठितं वृत्तयः कृदन्तवृत्तिः इत्युक्ते कृदन्तपदनिर्माणसमये तथितान्तपदनिर्माणसमये समस्तपदनिर्माणसमये अनेन सूत्रेण प्रातिपदिकसंज्ञा दीयते. प्रातिपदिकसंज्ञा नास्ति चेत् तत्र सुबुत्पत्तिः न भवति, न कर्तुं शक्यते इति कृत्वा समस्तपदनिर्माणसमये अनेन सूत्रेण प्रातिपदिकसंज्ञा भवति. गीताञ्जलिः भगिनी भवती पठतु, अग्रे किम् अस्ति? भगिनी अस्ति वा?
आम्, नमस्ते भगिनी, क्षम्यतां भगिनी. ध्येयं यत् यद्यपि अस्मिन् सूत्रे कृत् तद्धित इत्युक्तं तथापि कृत् प्रत्ययः तद्धितप्रत्ययः इत्यर्थः न अपि तु येषां रूपाणाम् अन्ते इमे प्रत्ययाः सन्ति. वैयाकरणैः उक्तं यत् अर्थवत् इत्यस्य अनुवृत्तिः अस्ति. कृत्प्रत्ययाः तद्धितप्रत्ययाः स्वयं नार्थवन्तः यदा प्रकृते विहिताः तदा व्युत्पन्नं रूपम् अर्थवत्. अतः अस्मिन् सूत्रे कृत् इत्युक्ते कृदन्तम्, अपि च तद्धित इत्युक्ते तद्धितान्तम् इति वदति. कृत् तद्धित ते द्वयोः प्रत्ययाः मेलनेन भूत्वा एव वयं धातुयोगः कृत् प्रत्ययः अपि च धातुयोगः तद्धितप्रत्ययः एव वयं रूपं साधयामः. किन्तु तस्मिन् अर्थवत् आवश्यकं. वैयाकरणैः उक्तं यत् अर्थवत् इत्यस्य अनुवृत्तिः अस्ति, तथैव अनुवृत्तिः आवश्यकम्. नास्ति चेत् किमर्थं किमपि अर्थः न भवेत्. अत्र कृत्प्रत्ययाः तद्धितप्रत्ययाः नार्थवन्तः यदा प्रकृतेः विहिताः तदा व्युत्पन्नं रूपम् अर्थवत्. अतः अस्मिन् सूत्रे कृत् इत्युक्ते कृदन्तम्, अपि च तद्धित इत्युक्ते तद्धितान्तम्.
किञ्चित् वदामि अत्र समयाभावात्. अत्र सूत्रे कृत् तद्धित इति पदद्वयम् उक्तमस्ति. कृत् इत्युक्ते कृत् प्रत्ययः, तद्धित इत्युक्ते तद्धितप्रत्ययः. अत्र तादृशार्थः न स्वीकर्तव्यः. अत्र यद्यपि भगिन्या परिभाषासूत्रं न लिखितमस्ति, अत्र परिभाषासूत्रम् अवगन्तव्यं. तत्र येन विधिस्तदन्तस्य इति एकं परिभाषासूत्रमस्ति. तत्र केवलं कृत्प्रत्ययः तद्धितप्रत्ययः तत्र तादृशपदानां ग्रहणम् इति अर्थः नास्ति. येषां पदानाम् अन्ते इमे प्रत्ययाः सन्ति तेषां सर्वेषां ग्रहणम् इति अवगन्तव्यम्. इत्युक्ते तत्र येन विधिस्तदन्तस्य सूत्रस्य परिभाषायाः आवश्यकता अस्ति. इत्युक्ते स्पष्टतया अवगमनार्थं तत्र परिभाषायाः आवश्यकता अस्ति. इत्युक्ते अत्र कृत् प्रत्ययाः अपि च तद्धितप्रत्ययाः ते स्वयं न अर्थवन्तः. इत्युक्ते तेषां किमपि अर्थः नास्ति. इत्युक्ते कृत् प्रत्ययस्य अपि च तद्धितप्रत्ययस्य प्रातिपदिकसंज्ञा नास्ति. अपि च यस्य पदं अत्र कथम् अवगन्तव्यम् इत्युक्ते यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति तस्य प्रातिपदिकसंज्ञा भवति, तथा एव यस्य पदस्य अन्ते तद्धितप्रत्ययः अस्ति तस्य प्रातिपदिकसंज्ञा भवति इति अवगन्तव्यं परिभाषासूत्रस्य साहाय्येन. केवलम् अत्र कृत् तद्धित इति पदानां यद्यपि तेषां प्रयोगः कृतः, किन्तु येषां पदानाम् अन्ते इमे प्रत्ययाः सन्ति तेषां ग्रहणम् इति अत्र विषयः अवगन्तव्यः. तेषां प्रातिपदिकसंज्ञा भवति इति विषयः. इत्युक्ते अनेन सूत्रेण कृदन्तानां तद्धितान्तानां समासपदानां प्रातिपदिकसंज्ञा दीयते. पुनः उपरि गत्वा अत्र चतुर्थ तत्र पञ्चमबिन्दुतः पठनीयं. भगिनी भवती एव पठतु अत्र पूर्वोत्तरपदयोः.
पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः सुपोधातुप्रातिपदिकयोः इति सूत्रेण प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुप्रत्ययस्य लोपानन्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पूर्वपदस्य प्रातिपदिकसंज्ञा पदसंज्ञा च तिष्ठति. पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः, अत्र सुपो धातुप्रातिपदिकयोः इति सूत्रेण पूर्वपदस्य विभक्तिरूपं लोपः भवति. लोपानन्तरं किन्तु तस्य लक्षणं तिष्ठति इत्युक्ते तदेव वयं विग्रहवाक्यं बुद्धं पदसंज्ञा तिष्ठति इत्युक्ते तदेव वयम्
अवगच्छामः. उत्तमम्. अत्र अस्माकं कृते एकं नूतनं सूत्रमस्ति सुपोधातुप्रातिपदिकयोः इति सूत्रेण सुपः लोपः भवति इति विषयः. अत्र पूर्वोत्तरपद यदा वयं समस्तपदनिर्माणं कुर्मः तदा अलौकिकविग्रहरूपसाधनार्थम् अलौकिकविग्रहवाक्यं लेखनानन्तरं तत्र सुपोधातुप्रातिपदिकयोः सूत्रेण पूर्वोत्तरपदयोः विभक्तिप्रत्ययानां लोपः भवति. अत्र सुपोधातुप्रातिपदिकयोः इति सूत्रमपि पठतु, अत्र अग्रे दत्तमस्ति, पठतु
अधोभागे भगिनी. सुपोधातुप्रातिपदिकयोः धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य प्रत्ययस्य लुक् भवति. यदि कश्चन सुप्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति तर्हि तस्य सुप्रत्ययस्य लुक् भवति. धातुश्च प्रातिपदिकं च तयोरितरेतरद्वन्द्वः. धातुप्रातिपदिके तयोर्धातुप्रातिपदिकयोः सुपः षष्ठ्यन्तं, धातुप्रातिपदिकयोः षष्ठीद्विवचनान्तम्. ण्यक्षत्रियार्षञितो यूनि लुगणिन्योः इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अस्ति. अनुवृत्तिसहितसूत्रं धातिप्रातिपदिकयोः सुपः लुक्.
अत्र तु सुपो धातु प्रातिपदिकयोः सूत्रं किञ्चित् विवरणं दत्तम्. अदि सुप् इति षष्ट्यन्तं, धातुप्रातिपदिकयोः अपि षष्ट्यन्तं, किञ्चित् द्विपदं द्विवचनम् अस्ति
अत्र भगिनि अत्र एकवारं पश्यतु सुपो इति लिखितम् अस्ति सुपो इत्युक्ते तत्र विसर्गसन्धिः भूत्वा तत्र पदमस्ति सुपः तत्र सुप् सुप् शब्दस्य षष्ट्यन्तं रूपं सुपः किन्तु सूत्रे विसर्गसन्धिं कृत्वा सुपो इति लिखितम् अस्ति सुपः षष्ट्यन्तं धातुप्रातिपदिकयोः वदतु
धातुप्रातिपदिकयोः इति अपि षष्ट्यन्तं द्विवचनं रूपम् अस्ति
उत्तमं तदर्थमेव अत्र धातुश्च प्रातिपदिकं च तयोः इतरेतरद्वन्द्वः इत्युक्ते तत्र इतरेतरयोगद्वन्द्वसमासः अस्ति किन्तु धातुप्रातिपदिके तत्र सप्तमी विभक्ति किन्तु धातुप्रातिपदिकयोः तत्र क्षम्यतां षष्टिविभक्ति एव धातुप्रातिपदिकयोः इति षष्टिद्विवचनं रूपं दत्तमस्ति अत्र धातुश्च प्रातिपदिकं च अत्र द्वन्द्वसमासः किन्तु अस्माकं कृते अत्र षष्टिद्विवचनं रूपं दत्तमस्ति अपि च अत्र मुख्यविषयः तु अत्र यद्यपि धातुः इति पदं लिखितमस्ति सूत्रे किन्तु अत्र अस्मिन् सन्दर्भे समासनिर्माणावसरे धातुः इति पदस्य विषये अस्माकम् अवधानं न आवश्यकं न अपेक्षितम् इत्युक्ते अत्र धातुः इत्यस्य प्रसक्तिः नास्ति केवलं प्रातिपदिकम् इति पदस्य प्रसक्तिः एव अस्ति तस्मिन् विषये अस्माकम् अवधानं भवेत् तत्र प्रातिपदिकस्य अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लोपः भवति अत्र लुक् इति लिखितमस्ति लुक् इत्युक्ते किम् इति ज्ञातव्यम् अग्रे पठतु लुग्
भगिनि प्रश्नद्वयम् अस्ति प्रष्टुं शक्नोमि वा अग्रे पृच्छामि
वदतु पृच्छतु भगिनि
अस्तु इदानीं तु भवती उक्तवती अहम् अवगतवती इदानीं तु धातुः नास्ति किन्तु धातुः तत्र सुप् प्रत्यय न भवति खलु तिङ् प्रत्यय भवति सुप् अत्र किमर्थं नो चेत् धातु किमर्थम् अत्र तत्तु प्रथमप्रश्नः अस्ति द्वितीयप्रश्नः अस्ति धातु प्रातिपदिकं तु बै डेफिनेशन् मूलरूपाणि रूपे एव खलु सो तत्र सुप्रत्यय अपि न भवति तिङ्प्रत्यय अपि न भवति अतः इदानीं किमर्थं लुक् तत्र नास्ति चेत् किमर्थं लुक् भवति
अत्र मम अवगमनं तु अत्र प्रातिपदिकानां प्रसङ्गे एव अत्र प्रसक्ति समस्तपदनिर्माणावसरे प्रातिपदिकम् इति पदस्य विषये एव अस्माकं चिन्तनम् अहं चिन्तयामि यस्य कस्यचित् अपि धातुः अस्ति इति भाति तस्मिन् प्रसङ्गे अपि एतत् सूत्रं कार्यं करोति इति मम चिन्तनं केचन
कोऽपि कृदन्तपदानि सञ्जितपदानि धातु एव तद् कार्यं करोति न तद् तद् प्रातिपदिकम् अस्ति
मम चिन्तनं तु न केवलं समासप्रसङ्गे अत्र प्रातिपदिकम् इति पदस्य विषये अत्र चिन्तनम् अस्ति किन्तु धातोः इत्युक्ते अत्र यदि सूत्रं समीचीनतया वयं तत्र अष्टाध्यायी डाट् काम् वा कुत्रचित् गत्वा तत्र पठामश्चेत् तत्र धातोः प्रसङ्गे अपि अस्य सूत्रस्य प्रसक्तिः अस्ति इति अहं किञ्चित् दृष्टवती किञ्चित् समीचीनतया न जानामि
अस्तु इदानीं वयं पूर्वं पठितवन्तः खलु वन् आफ् द बेसिक् सूत्राणि न विभक्तौ तु स्मः तत्र विभक्ति अस्ति किन्तु इट् अप्लैस् टु धातूस् आल्सो सो तथा एव इदानीं तु सुप्रत्यय डस् इट् इन्क्लूड् आल् प्रत्ययस् इन् देट् काण्टेक्स्ट् अस्ति वा न जानामि किन्तु तत्र तु वयं जानीमः तत्र न विभक्तौ तु स्मः विभक्ति इति शब्दः अस्ति किन्तु तत्तु सुबन्तानाम् एव न भवति,
तत्र व्याकरणवर्गे वयं पठितवन्तः विभक्तिश्च इति सूत्रेण न केवलं विभक्तिप्रत्ययाः तत्र धातुतः निर्मितप्रत्ययानां प्रसङ्गे अपि तत्र विभक्तिश्च सूत्रेण तत्र विभक्तिसंज्ञकाः भवन्ति तत्र.
अत्र अपि तथा एव वा? सुप् इत्युक्ते सुप् प्लस् तिङ् प्रत्ययः.
अहं न जानामि भगिनी,
द्वितीयप्रश्नः अस्ति धातु प्रातिपदिकम् इत्युक्ते मूलरूपा रूपे एव खलु, अतः इदानीं सुप् लोकः लुकः इति किमर्थं सुप् किमपि प्रत्यये नास्ति, तत् नास्ति चेत् एव धातु भवति प्रातिपदिकं भवति, अतः इदानीम् एतत् सूत्रं किमर्थं तत्र लुक् भवति इति वदति.
इत्युक्ते अत्र समस्तपदनिर्माणावसरे अनेन सूत्रेण तत्र प्रातिपदिकस्य अन्ते तत्र अवयवरूपेण ये ये प्रत्ययाः सुप्रत्ययाः सन्ति तेषां लोपः भवति इति एतत् सूत्रं वदति. सुपोधातुप्रातिपदिकयोः सूत्रं किम् इत्युक्ते तत्र प्रातिपदिकस्य इत्युक्ते अत्र प्रातिपदिकस्य इति न वक्तव्यं, तत्र पदस्य अन्ते
प्रत्ययः भवति तस्य लोपः भवति.
इत्युक्ते
प्रातिपदिकम् एव स्वीकरणीयं नो चेत् ग्रहणीयं.
यथा वयम् उदाहरणं स्वीकृत्य परिशीलयामश्चेत् रामः इति पदं सुबन्तपदं, किमर्थम् इत्युक्ते तत्र अन्ते सुप्रत्ययः अस्ति इति कृत्वा, यदि सुप्रत्ययं नास्ति चेत् केवलं राम इति अकारान्तप्रातिपदिकम्, अकारान्तप्रातिपदिकात् सुप्रत्ययस्य योजनेन सुप्तिङन्तं पदम् इति सूत्रेण तत्र पदं सिद्ध्यति. अपदं न प्रयुञ्जीत इति सूत्रेण यत् पदं नास्ति तस्य प्रयोगः न करणीयः इति वयं जानीमः, तदर्थमेव अत्र इत्युक्ते यस्य पदस्य अन्ते तिङ् प्रत्ययः वा अथवा कृत् प्रत्ययः क्षम्यतां सुप्रत्ययः वा नास्ति चेत् तस्य प्रयोगः न करणीयः इति अपदं न प्रयुञ्जीत इति वदति. इत्युक्ते अत्र एतावता प्रातिपदिकस्य अन्ते तस्य अवयवरूपेण ये ये सुपप्रत्ययाः सन्ति तेषां लुक् भवति, तेषां लोपः भवति, अनेन सूत्रेण अलौकिकविग्रहवाक्यरचनावेलायाम् इति विषयः इति भगिनीं पृष्ट्वा वक्तुमिच्छामि भगिनी. अहं न
जानामि, एकवारम् अहं वदामि, भवती कृपया वदतु अहम् अवगतवती वा न. इदानीं तु रामः शब्दः अस्ति, तत्तु सुबन्तम् अस्ति, पदम् अस्ति, तस्य प्रयोगः कर्तुं शक्नुमः वयम्. इदानीं समासे योजनीयं चेत् तत्र रामः न प्रयोक्तव्यं, राम इति प्रातिपदिकं प्रयोक्तव्यं, किन्तु अपदं न युञ्जीत इति सूत्रेण न करणीयम् इति वदति. किन्तु इदानीं समासे सुपोधातुप्रातिपदिकयोः सूत्रेण वयं कर्तुं शक्नुमः, अतः राम लक्ष्मण द्वयोः शब्दयोः समासः कर्तुं शक्नुमः तथा वा?
इति मम चिन्तनम्. इत्युक्ते आहत्यत्र राम इति प्रातिपदिकमस्ति, राम इति प्रातिपदिकम् अपि कृदन्तप्रातिपदिकम्, इत्युक्ते रं धातुतः घञ् प्रत्ययस्य योजनेन राम इति प्रातिपदिकं सिद्ध्यति. तदनन्तरं प्रथमाविभक्ति एकवचनप्रत्ययः सु इति प्रत्ययस्य योजनेन तत्र रामः इति पदं सिद्ध्यति. तावदेव. इतोपि प्रश्नः सन्ति चेत् वयम् अग्रिमे सप्ताहे तस्मिन् विषये चिन्तयामः. करपत्रं समापयितुम् इच्छामि. अत्र लुग् लुगणिनोनियोः इति पदमस्ति, तत्र लुक् इति पदमस्ति. इत्युक्ते अत्र एकं विशिष्टसूत्रमस्ति, तस्मिन् सूत्रे लुक् इति पदमस्ति, तत् पदम् अस्मिन् सूत्रे अनुवृत्तिरूपेण आयाति. एतावता अनुवृत्तिसहितसूत्रं धातुप्रातिपदिकयोः सुपः लुक् भवति इति विषयः. अत्र लुक् इत्युक्ते किम् इति अस्माभिः ज्ञातव्यम्. उषा भगिनी भवती पठतु अग्रे. अदर्शनं लोपः.
ओ, अदर्शनं लोपः. लोपसंज्ञया अदर्शनं विहितं. प्रत्ययस्य लुक् श्लू लुपः. लुक् श्लू लुपः इत्याभिः तिसृभिः संज्ञाभिः अदर्शनं विहितम्. न लोपः प्रातिपदिकान्तस्य.
तद् मास्तु भगिनि, इत्युक्ते तत् भिन्नं सूत्रम्. इत्युक्ते प्रातिपदिकान्तस्य नकारस्य लोपः भवति, यथा राजन् इति शब्दस्य शब्दं योजयित्वा राजपुरुषः इत्यस्मिन् पदे तत्र राजा इति शब्दस्य प्रातिपदिकं राजन् नकारान्तप्रातिपदिकमस्ति. तत्र तत्र अनेन सूत्रेण नकारलोपः भवति इति विषयः. किन्तु सः विषयः अप्रस्तुतः. इत्युक्ते तस्मिन् विषये अग्रिमे सप्ताहे पठिष्यामः. अदर्शनं लोपः इत्यस्मिन् विषये भवत्याः अवगमनं किम्?
लोपसंज्ञया अदर्शनं इस् गिवन्, अदर्शनं दत्तं. प्रातिपदिकयोः सुप् सुपः लुक् लुक् इति पदं लोपः, वन् आफ् द लोपास्.
इत्युक्ते अत्र साधारणतया पूर्वस्मिन् सूत्रे किं लिखितमस्ति? लुक् इति लिखितमस्ति. लुक् इत्युक्ते एकविधविशिष्टप्रकारकः लोपः.
एकविधविशिष्टप्रकारलोपः.
किन्तु लोपः इत्युक्ते किम् इति अपि ज्ञातव्यं. लोपः इत्युक्ते अदर्शनम्. अदर्शनम् एव लोपनं लोपः. लोपः अपि एकं कार्यमेव. इत्युक्ते व्याकरणक्षेत्रे लोपः अपि एकं कार्यं. लोपः इत्युक्ते अदर्शनम्. अत्र अदर्शनं लोपः इति संज्ञासूत्रमस्ति. तदर्थमेव साधारणतया संज्ञासूत्राणि अष्टाध्याय्याः प्रथमाध्याये भवन्ति. तदर्थमेव प्रथमाध्यायस्य प्रथमपादे इदं सूत्रमस्ति, अदर्शनं लोपः. अग्रिमं सूत्रमस्ति लोपः इत्यस्य कृते. तत्र प्रत्ययस्य लुक् श्लू लुपः. इत्युक्ते लुक् इत्युक्ते एकविधप्रकारकः लोपः, श्लू इत्युक्ते भिन्नप्रकारलोपः, लुप् इत्युक्ते लोपः. तिसृभिः संज्ञाभिः अदर्शनं विहितं भवति. इत्युक्ते ये व्याकरणकक्षां गच्छन्ति ते जानन्ति अस्मिन् विषये. अत्र किञ्चित् सरला भगिनी किञ्चित् वदतु लुक् इत्यस्मिन् विषये भवत्याः अवगमनं.
धातु विल् बि रीप्लेस्ड् बै द होल् थिङ्ग्.
लुक् श्लू लुप् त्रयः त्रीणि पदानि सन्ति, तेषाम् अर्थम् एकम् अस्ति. अदर्शनं पदं लुप्त भवति, किन्तु लुक् श्लू लुक् तेषां भिन्न अर्थम् अपि आगच्छति. यथा अदादिप्रभृतिभ्यः लुक् यदि विकरणप्रत्ययः वयं जानीमः, तत्र यदि विकरणप्रत्ययः लुक् भवति तस्य इविन् प्रत्ययस्य लक्षणम् अपि न तिष्ठति. यदि श्लू जुहाति दिव्य श्लू इति विक्रणपचे आगच्छति तत् द्वितम् आगच्छति. लुप् तस्य सामान्य अर्थम् अस्ति, केवलं लुप्यते इति भवति इति अर्थम् अहं जानामि भगिनि.
उत्तमं भगिनि, समीचीनतया उक्तवती. अत्र लुक् इत्युक्ते एकः विशिष्टप्रकारकः लोपः. तत्र यथा भगिन्या उक्तम् अदादिगणे वयं बहवः धातवः वयं बहून् धातून् जानीमः. तत्र अद् धातुः, अस् धातुः, अस् धातोः रूपम् अस्ति, अद् धातोः रूपम् अत्ति, विद् धातोः रूपं वेत्ति. तत्र एते धातवः अदादिगणे सन्ति. अदादिगणे एकं सूत्रमस्ति, अदिप्रभृतिभ्यः शपः इति सूत्रमस्ति. तत्र लुक् इति अनुवृत्तिरूपेण तस्मिन् सूत्रे अपि आयाति. तस्मिन् गणे किं भवति इत्युक्ते तत्र धातुतः विधीयमानः शप् प्रत्ययस्य लोपः भवति. इत्युक्ते शपं प्रबाध्य तत्र विकरणप्रत्ययस्य लोपः भवति. तदर्थमेव तत्र अस्य योगः ति मध्ये विकरणप्रत्ययः न आयाति अदादिगणे. तदर्थमेव वेत्ति, अत्ति, अस्ति एतादृशानि पदानां तिङन्तपद इत्युक्ते सार्वधातुकप्रक्रियायां तिङन्तपदनिर्माणसमये पदादिगणे अधिप्रभृतिभ्यः शपः इति सूत्रे लुक् इत्यस्य कार्यं वयं दृष्टवन्तः. अपि च श्लु इत्यस्य कार्यं कुत्र दृष्टवन्तः? जुहोत्यादिगणे. ददाति, दधाति, बिभेति, जुहोति, जहाति एतानि पदानि जुहोत्यादिगणे सन्ति. एते धातवः जुहोत्यादिगणीयधातवः. तत्र तु जुहोत्यादिभ्यः श्लुः इति एकं सूत्रमस्ति. तत्र श्लु इत्यस्य कार्यं भवति. तत्र श्लु इति अपि एकभिन्नप्रकारक लोपः एव. तत्र लोपः भूत्वा तत्र द्वित्वं भवति. श्लु इति लिखितम् श्लु अस्ति इति कृत्वा तस्मिन् गणे सर्वदा शपः लोपः भवति. इत्युक्ते शप् विकरणप्रत्ययस्य लोपः भवति. अपि च द्वित्वकार्यम् अपि भवति. इत्युक्ते अत्र एते त्रयः एताः त्रयः तिस्रः संज्ञाः तिसृभिः संज्ञाभिः आदर्शनं विहितं भवति इति लिखितमस्ति. इत्युक्ते आहत्य एतेषां त्रयाणाम् उपयोगेन किं कार्यं भवति? आदर्शनमेव भवति. लोपः एव कार्यं. किन्तु भिन्नभिन्नप्रकारकलोपाः एते आहत्य एतेषां प्रसक्तिः भिन्नसूत्रेषु वयं व्याकरणकक्षायां दृष्टवन्तः. जुहोत्यादिभ्यः श्लुः. वदतु भगिनि.
भगिनि, लुक् श्लु अपि लुक् त्रीणि कार्याणि सन्ति, भिन्नभिन्नकार्याणि. किन्तु आहत्य लोप एव
लोपः एव. न केवलं तत्र न केवलं लोपः, जुहोत्यादिगणे श्लुः इति उक्तमस्ति. इत्युक्ते तत्र द्वित्वम् अपि भवति, न केवलं लोपः. तदर्थमेव भिन्ननाम दत्तमस्ति श्लु.
किन्तु लुक् अपि च लुप् तदेव, द्वयोः भेदः कः?
तयोः भेदः इत्युक्ते लुक् इति एकविधलोपः अस्ति, तेन तत्र विकरणप्रत्ययस्य लोपः भवति तत्र सूत्रे.
किन्तु लुप् अपि लोप अपि तस् समानेव कार्यं करोति.
उत्तमं
भगिनि, उत्तमरीत्या प्रतिपादितवती. इत्युक्ते तत्र यद्यपि केवलम् आदर्शनमेव कार्यं भवति, किन्तु तत्र विशिष्टकार्याणि अपि भवन्ति तत्र.
धन्यवादः भगिनि.
अनन्तरम् अत्र उषा भगिनी उपरि गत्वा समासचिन्तनप्रसङ्गे प्रक्रियाप्रसङ्गे इतोपि कानिचन वाक्यानि सन्ति, एकवारं पठतु. षष्ठं वाक्यम् आरभ्य.
पूर्वनिपातः प्रथमानिर्दिष्टं समास उपसर्जनम् इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमाविभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति. यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति उपसर्जनं पूर्वम् इति सूत्रेण. समस्तपदे द्वयोः पदयोः अस्ति. द्वयोः पदयोः मध्ये विच् पदं शुड् बि यूस्ड् फस्ट् इस् डिटर्मिन्ड् बै उपसर्जनसंज्ञा. उपसर्जन समासविधायकसूत्रे यत् पदं प्रथमा निर्दिष्टं, यत् पदं प्रथमा विभक्ति अस्ति तत् पदं उपसर्जनसंज्ञा. उदाहरणे उपसर्जनसंज्ञापदं प्रथमतया पूर्वं
यथा सीतापतिः सीतापतिः इति समस्तपदे सीतापदं किमर्थं पूर्वं भवति इति चिन्तयामः. सीता इति पदमेव सीताया इति पदमेव किमर्थं पूर्वपदं भवति इत्यस्य अवगमनार्थं तस्मिन् सन्दर्भे प्रथमानिर्दि वदतु.
समासविधायकसूत्रे षष्ठी इति सूत्रे षष्ठी इति पदं प्रथमान्तं पदम् षष्ठ्यस्य पदं षष्ठ्यन्तं पदं प्रथम पूर्वपदम् अस्ति उपसर्जन उपसर्जनसंज्ञा. सो सीतायाः सीतापतिः इति समस्त पदे सीतायाः इति षष्ठ्यन्तं पदं. सो सीता गेट्स् टु बी द फस्ट् पदम्
पूर्वनिपातः उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वनिपातः अथवा तस्य पदस्य पूर्वप्रयोगः भवति इति विषयः. धन्यवादः भगिनी. अत्र उषा तत्र पुष्पा भगिनी भवती पठतु अग्रिमानि वाक्यानि. पुष्पा भगिनी
अस्तु भगिनि समासान्तप्रत्ययाः समासे कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम्. अत्र समासस्य अन्ते कोऽपि प्रत्ययः कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मरणार्थम् अस्ति.
इत्युक्ते अत्र समासान्तप्रत्ययस्य विधानानन्तरं तत्र अन्ते पुनः सुबुत्पत्तिः भवति. इत्युक्ते तत्र एतेषां विषये एतावत्पर्यन्तम् अस्माभिः न पठितं, तदर्थं तत् त्यजामः. अग्रे पठतु.
पूर्व उत्तरपदयोः विशिष्टकार्याणि. कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेन पूर्वपदे किञ्चित् कार्यं भवितुम् अर्हति. अस्तु, पूर्व उत्तरपद कथं निर्दिष्टम् इति अधिकारम् किम् अधिकारं दीयते इति वदनेन कुत्रचित् उत्तरपदे अधिकारं किञ्चित् पूर्वपदे अधिकारम् इति किञ्चित् कार्यं भवितुम् अर्हति इति.
अत्र एतदपि एकं सोपानम् इत्युक्ते समस्तपदनिर्माणसन्दर्भे इदमपि एकं सोपानम् इत्युक्ते तत्र अस्मिन् विषये अपि चिन्तनीयं भवति. पूर्व उत्तरपदयोः कीदृशविशिष्टकार्याणि भवितुमर्हन्ति इति इत्यस्य चिन्तनमपि करणीयं. यदा वयं समस्तपदनिर्माणं कुर्मः पूर्वपदस्य कुत्रचित् पूर्वपदमस्ति चेत् अथवा किञ्चित् विशिष्टम् उत्तरपदमस्ति चेत् तत्र कीदृशं कार्यं भवति, एतादृशं चिन्तनमपि समासप्रसङ्गे अपेक्षितम्. एतत् सर्वम् अत्र वयम् अष्टाध्यायी पुस्तके उत्तरपदाधिकारः इति तस्मिन् अधिकारे तत्र कानिचन सूत्राणि सन्ति, तेषां साहाय्येन आधारेण तत्र पूर्वपदे किञ्चित् उत्तरपदं कीदृशं पदमस्ति चेत् पूर्वपदे कीदृशपरिवर्तनं भवति, कीदृशं कार्यं भवति, एतत् सर्वं तत्र आयास्यति. अग्रे
भगिनि लघुप्रश्नः भगिनि, इति सोपाने एव प्रधान किम् इति वयं करणीयं. पूर्व उत्तर पदयोः विशिष्टकार्याणि अत्र एव वयं पूर्व वा परं पदं प्रधानं वा इति करणीयम्.
इत्युक्ते एतदर्थम् अत्र रात्रिः इति पदमस्ति चेत् रात्रिः केवलं रात्रि इति पदस्य विषये एव बहवः नियमाः सन्ति. तत्र उत्तरपदं रात्रिः इति पदमस्ति चेत् तत्र पूर्वपदे कीदृशं कार्यं भवति कीदृशपरिवर्तनं भवति एतत् सर्वं तत्र आयास्यति. इत्युक्ते उत्तरपदं किमपि विशिष्टपदमस्ति चेत् सम्पूर्णसमस्तपदस्य विषये कीदृशचिन्तनम् अपेक्षितम् एतत् सर्वं तत्र ज्ञातव्यम्. यथा रात्रिशब्दः पूर्वपदं संख्यावाचकपदम् अस्ति चेत् तत्र नव इति पदं संख्यावाचकपदम् अस्ति इति कृत्वा उत्तरपदं रात्रिः अस्ति चेत् तत् पदं केवलं नपुंसकलिङ्गे एव भवति इति एकः नियमः. तदर्थमेव नवरात्रम् इति वक्तव्यं, न तु नवरात्रिः. तथा एव शुभरात्रिः इति भिन्नं पदं. तत्र उत्तरपदं किञ्चित् विशिष्टपदमस्ति चेत् पूर्वपदे कानिचन कार्याणि भवन्ति. कीदृशानि कार्याणि इति पश्यामश्चेत् यदा तस्मिन् सन्दर्भे वयं पठामः. पठतु, अग्रे पठतु.
समासस्य लिङ्गस्य वचनस्य च निर्णयं कुर्मः. तदेव इदानीं त्वं उक्तं न, रात्रि रात्रं रात्रिः समासस्य लिङ्गं वचनस्य च निर्णयं कुर्मः.
इत्युक्ते अत्र उपरि यदा वयं सूत्राणि पठितवन्तः तदा वयं दृष्टवन्तः द्वन्द्वसमासप्रसङ्गे अत्र कृत्तद्धितसमासाः इति एकमेव समस्तपदं. समासाः इति बहुवचनं पदं दत्तमस्ति. कथम् इत्युक्ते समासः इति पदं तृतीयं पदमस्ति. तस्मिन् समस्तपदे कृत्तद्धितसमासाः इत्यस्मिन् पदे समासः इति अकारान्तपुंलिङ्गपदमस्ति इति कृत्वा द्वन्द्वसमासप्रसङ्गे परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः सूत्रेण उत्तरपदस्य इत्युक्ते अन्तिमपदस्य लिङ्गम् अनुसृत्य सम्पूर्णसमस्तपदस्य लिङ्गं भवति. अपि च वचननिर्णयं कथं कुर्मः, एतत् सर्वम् एतेषां कृते सूत्राणि सन्ति. अग्रे
सन्धिः, समासे सन्धिः करणीयः एव. कोऽपि सन्धिः अस्ति चेत् समासे सन्धिः करणीयं. तदेव कोऽपि इदानीम् उक्तं न,
वागर्थौ इव
तदेव समस्तपदात् सुबुत्पत्तिः, समासस्य प्रातिपदिकात् सुबुत्पत्तिः भवति. सामान्यतः प्रथमाविभक्तौ एकवचनप्रत्ययः सु इति एव योजयामः, यतोहि तादृशी शैली अस्ति. अस्तु, अत्र समासस्य प्रातिपदिकं कर्तुं सुप्रत्ययाः सन्ति एव.
इत्युक्ते अत्र एतदेव अन्तिमं सोपानम्. इत्युक्ते एतावत्पर्यन्तं वयं कानिचन कार्याणि इत्युक्ते सोपानेन वयं प्रक्रियां दृष्टवन्तः. एतदेव अन्तिमं सोपानं. साधारणतया समस्तपदं प्रथमाविभक्ति एकवचनरूपमेव साधारणतया निर्मामः. इत्युक्ते रामः इति पदं, क्षम्यतां रामः नास्ति, कृत्तद्धितसमासाः अथवा किमपि सीतापतिः इति प्रथमाविभक्ति एकवचनरूपं प्रथमतया साधयामः. तदर्थमेव किं भवति, तत्र समासस्य कृत्तद्धितसमासाश्च सूत्रेण प्रातिपदिकसंज्ञा दीयते. तदनन्तरं सुप्रत्ययानां योजनं भवति. प्रथमतया सु इति प्रथमाविभक्ति एकवचनप्रत्ययं योजयित्वा प्रथमाविभक्ति एकवचनरूपं प्रथमतया साधयामः. तदनन्तरम् अस्माकं विवक्षानुगुणं वाक्ये तस्य पदस्य विभक्तिम् अनुसृत्य
अर्थं किम् इति दृष्ट्वा बहुवचनं विभक्तिं कुर्मः.
इत्युक्ते अत्र देवालयः इति समस्तपदम् अस्ति, किन्तु देवालयं गच्छामि इति वदामि चेत् देवस्य आलयः तम् इति विग्रहवाक्यं वदामः. किन्तु समस्तपदे तत्र द्वितीयाविभक्ति एकवचनप्रत्ययः अम् इति प्रत्ययं योजयामः. इत्युक्ते एतावता आरम्भे प्रथमाविभक्ति एकवचनरूपं साधयामः सु प्रत्ययस्य योजनेन. तदनन्तरं विवक्षानुगुणं भिन्नभिन्न सुप्रत्ययानां योजनं कृत्वा वाक्ये तेषां प्रयोगं कुर्मः इति विषयः. अत्र अधुना स्थगयाम. अग्रिमे सप्ताहे पुनः मिलित्वा इतोपि नूतनान् विषयान् ज्ञास्यामः. सर्वेषां धन्यवादः.
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 नमस्कारः
भगिनी.